सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। अद्य नूतनपाठः आरभ्यते। अद्यतनपाठस्य शीर्षकमस्ति अष्टाध्याय्यां सूत्राणां बलाबलम्। अष्टाध्यायी इति समस्तपदमस्ति, अष्टानाम् अध्यायानां समाहारः अष्टाध्यायी, अष्टानाम् अध्यायानां समाहारः इति विग्रहवाक्यमस्ति। अष्टाध्यायी ग्रन्थे अष्ट अध्यायाः सन्ति, प्रत्येकस्मिन् अध्याये चत्वारः पादाः सन्ति, आहत्य सर्वे मिलित्वा द्वात्रिंशत् 32 पादाः सन्ति। अपि च अष्टाध्यायी इति ग्रन्थः भागद्वये विभक्तमस्ति। प्रथमभागस्य नाम सपादसप्ताध्यायी, द्वितीयभागस्य नाम त्रिपादी। अष्टाध्यायी ग्रन्थे प्रथमभागे किम् अस्ति? प्रथमाध्यायस्य प्रथमपादस्य प्रथमसूत्रात् आरभ्य अष्टमाध्यायस्य प्रथमपादस्य अन्तपर्यन्तं प्रथमभागः अस्ति, तस्य नाम सपादसप्ताध्यायी। द्वितीयभागः अस्ति त्रिपादी। त्रिपाद्याम् अष्टमाध्यायस्य त्रयः भागाः सन्ति, अष्टमाध्यायस्य द्वितीयपादः, तृतीयपादः, चतुर्थपादः च त्रिपाद्यां सन्ति। अष्टाध्यायी ग्रन्थस्थानि सूत्राणि लघुसूत्राणि इत्युक्ते अल्पाक्षरयुक्तानि, ग्रन्थे सूत्राणि अपि अतिन्यूनानि सन्ति। तदेव पाणिनेः लक्ष्यमासीत् इत्युक्ते सूत्राणि अल्पाक्षरयुक्तानि भवेयुः, अपि च अतिन्यूनानि सूत्राणि स्युः इति पाणिनेः लक्ष्यमासीत्। तादृशरीत्या मनसि चिन्तयित्वा पाणिनिः सूत्राणि लिखितवान्। एवं रीत्या पाणिनिः तस्मिन् ग्रन्थे लघुत्वमपि साधितवान्। पूर्वं वयं पठितवन्तः खलु सूत्रलक्षणानि कानि इति, प्रसङ्गे एका कारिका वर्तते, अल्पाक्षरम्, असन्दिग्धं, सारवत्, विश्वतोमुखम्, अस्तोभम्, अनवद्यञ्च सूत्रं सूत्रविदो विदुः इति श्लोकेन सूत्रलक्षणानि उच्यन्ते, जानीमः एव। अष्टाध्याय्यां सूत्रेषु अल्पाक्षराणि सन्ति इत्युक्ते एकमपि अक्षरं व्यर्थं मा भवतु इति पाणिनेः आशयः, एवमेव एकमपि सूत्रं व्यर्थं मा भवतु इति तस्य आशयः अस्ति। अतः ग्रन्थः लघु अस्ति, ग्रन्थस्य लघुत्वसिद्धिः एव तस्य लक्ष्यं। ग्रन्थस्य लघुत्वसिद्धिः कथं साधितवान् इति अद्य वयं पठामः। एतान् सर्वान् विषयान् मनसि निधाय सूत्राणाम् आयोजनं कृतवान् अष्टाध्यायी ग्रन्थे। सूत्राणाम् आयोजनविषये बहु सुन्दरतर्कः अस्ति, किन्तु सः तर्कः बाह्यतर्कः नास्ति, तर्कः अन्ते अस्ति इत्युक्ते सूत्राणाम् अन्ते अन्तस्तर्कः। अत्र अन्तस्तर्कः कः इत्युक्ते सूत्राणाम् आयोजनक्रमः अनुवृत्तीनाम् आधारेण अपि च सूत्राणां बलाबलचिन्तनस्य आधारेण कृतमस्ति। अस्य पाठस्य बहु महत्त्वमस्ति, पाठः बहुमुख्यः। किमर्थम् अस्य महत्त्वं किमर्थमस्ति इत्युक्ते पदनिर्माणसमये इत्युक्ते प्रक्रियाकाले इत्युक्ते यदा वयं तिङन्तपदं साधयितुमिच्छामः अथवा सुबन्तपदं साधयितुमिच्छामः तदा पदनिर्माणसमये प्रक्रियाकाले सूत्राणां बलाबलचिन्तनम् इति सिद्धान्तः अवश्यम् आयास्यति। सूत्राणां बलाबलचिन्तनं नाम किम् इत्युक्ते एकस्मिन् स्थले एकस्मिन् समये युगपत् सूत्रद्वयम् अथवा बहूनि सूत्राणि इत्युक्ते एकस्मात् अधिकानि सूत्राणि बहूनि सूत्राणि अपि एकत्र एकस्मिन् स्थले आगत्य कार्यं कर्तुम् उद्युक्तानि भवन्ति चेत् तदा केन सूत्रेण कार्यं करणीयं, कस्य सूत्रस्य कार्यं भवेत् इति प्रश्नः मनसि उदेति एव। तस्य उत्तरं प्राप्तुम् अयं पाठः पठनीयः। केन सूत्रेण कार्यं कुर्यात् इत्यस्य निर्णयार्थं सूत्राणां बलाबलचिन्तनम् इति सिद्धान्तः अवश्यं ज्ञातव्यः। बलाबलचिन्तनम् इति उक्तमस्ति, बलं च अबलं च अनयोः चिन्तनम्। अबलम् इति कथनेन नैतत्पुरुषसमासः अस्ति, न बलम् अबलम्, नैतत्पुरुषसमासः अस्ति तस्मिन् पदे. एकस्मिन् स्थले द्वयोः सूत्रयोः प्रसक्तिः अथवा बहूनां सूत्राणां प्रसक्तिः एकस्मिन् स्थले अस्ति चेत् यस्य सूत्रस्य बलमस्ति तस्य कार्यं भवति इति सामान्यविषयः. इत्येव सारांशः खलु. यद्यपि तत्र बहूनि सूत्राणि सन्ति, तानि सूत्राणि कार्यं कर्तुम् उद्युक्तानि भवन्ति चेदपि तत्र यस्य सूत्रस्य बलमस्ति तस्य कार्यं भवति, यस्य सूत्रस्य बलं नास्ति तस्य कार्यं न कुर्यात् इति एव सारांशः. तस्मिन् अवसरे किं सूत्रं बलवत् भवति, केन कारणेन तत् सूत्रं बलवत् भवति, कस्य सूत्रस्य कार्यं भवति, किं सूत्रं बलीयः भवति इति निर्णयः केन आधारेण भवति इति एव अस्माकं चिन्तनम्. अस्य निर्णयार्थम् अस्मिन् पाठे विशेषचिन्तनम् अस्ति. अस्मिन् अवसरे सूत्रद्वयं स्मर्तव्यं, विप्रतिषेधे परं कार्यम् इति एकं सूत्रं, पूर्वत्रासिद्धम् इति सूत्रम्. इत्युक्ते सूत्रद्वयं स्मर्तव्यं, केन सूत्रेण कार्यं करणीयम् इत्यस्य निर्णयार्थम्, अपि च द्वे परिभाषे स्तः. एका परिभाषा अस्ति पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति एका परिभाषा अस्ति, अन्या परिभाषा अपि अस्ति. एतत् सर्वम् अस्मिन् पाठे आयास्यति. परिभाषासूत्रं भिन्नं, परिभाषाः भिन्नाः. परिभाषाः नागेशभट्टेन लिखिताः, नागेशभट्टेन लिखितं पुस्तकमस्ति परिभाषेन्दुशेखरः. तस्मिन् ग्रन्थे सर्वाः परिभाषाः सङ्गृहीताः. अयं पाठः मुख्यः किमर्थम् इत्युक्ते तिङन्तपदानां निर्माणावसरे अथवा सुबन्तपदानां निर्माणावसरे प्रक्रियाकाले एकस्मिन् समये एकस्मिन् स्थले सूत्रद्वयम् अथवा बहूनि सूत्राणि आगत्य कार्यं कर्तुम् उद्युक्तानि भवन्ति चेत् तत्र सर्वाणि निमित्तानि पूरितानि सन्ति, प्रसक्तं सूत्रद्वयम् अथवा प्रसक्तं सूत्रत्रयं कुत्र अस्ति, तत् सूत्रद्वयं कुत्र अस्ति, अष्टाध्यायीग्रन्थे प्रथमभागे अस्ति वा द्वितीयभागे अस्ति वा. अष्टाध्यायीग्रन्थः भागद्वये विभक्तम् इति स्मर्तव्यं सर्वदा. तत् सूत्रद्वयम् अष्टाध्यायीग्रन्थस्य प्रथमभागे अस्ति वा, सपादसप्ताध्याय्याम् अस्ति वा प्रसक्तं सूत्रद्वयं, नो चेत् तत् सूत्रद्वयं त्रिपाद्याम् अस्ति वा इति द्रष्टव्यम्. इत्युक्ते सूत्रसङ्ख्यायाः महत्त्वम् अस्ति, प्रक्रियाकाले सूत्राणां सूत्रसङ्ख्यायाः महत्त्वम् अस्ति, किन्तु सूत्रसङ्ख्यायाः महत्त्वं कदाचित् न भवति. सूत्रसङ्ख्यायाः महत्त्वं कदा अस्ति, सूत्रसङ्ख्यायाः महत्त्वं कदा न भवति इति अपि अस्मिन् करपत्रे दत्तमस्ति. प्रसक्तं सूत्रद्वयम् इत्युक्ते एकस्मिन् स्थले सूत्रद्वयम् आगत्य कार्यं कर्तुम् उद्युक्तं भवति चेत् तत् सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति चेत् कस्य सूत्रस्य कार्यं भवति इत्यस्य निर्णयार्थम् एकः नियमः प्रवर्तते, स एव विप्रतिषेधे परं कार्यम्. इत्युक्ते सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति चेत् विप्रतिषेधे परं कार्यम् इति शास्त्रेण निर्णयः क्रियते. तत् सूत्रद्वयं त्रिपाद्याम् इत्युक्ते अष्टाध्यायीग्रन्थस्य द्वितीयभागे अस्ति चेत् अन्यः नियमः प्रवर्तते इति अपि स्मर्तव्यम्. केन सूत्रेण कार्यं करणीयम् इत्यस्य निर्णयार्थं भिन्ननियमः प्रवर्तते. यदि सूत्रद्वयं त्रिपाद्याम् अस्ति, कस्मिन् सन्दर्भे सूत्रसङ्ख्यायाः महत्त्वम् अस्ति, कस्मिन् सन्दर्भे सूत्रसङ्ख्यायाः महत्त्वं नास्ति इति अपि ज्ञातुं शक्नुमः. अपि च सूत्रद्वयमस्ति कार्यं कर्तुं, सूत्रद्वये एकं सूत्रमस्ति उत्सर्गसूत्रम्, अन्यत् सूत्रमस्ति अपवादसूत्रम्. तादृशी स्थितिः अस्ति चेत् तत्र सूत्रसङ्ख्यायाः महत्त्वं नास्ति, तादृशी स्थितिः अस्ति चेत् सूत्रसङ्ख्या न द्रष्टव्या, तत्र अपवादसूत्रेण एव कार्यं करणीयम्. उत्सर्गसूत्रम् इति कथनेन जनरल् रूल्, अपवादसूत्रम् इत्युक्ते एक्सेप्शन्. उत्सर्गसूत्रस्य कार्यक्षेत्रं सर्वदा बृहत् भवति, इत्युक्ते उत्सर्गसूत्रं कार्यं कर्तुं कार्यक्षेत्रं बृहत् अस्ति, किन्तु अपवादसूत्रस्य कृते कार्यक्षेत्रं लघु भवति. द्वयोः सूत्रयोः एकं सूत्रम् अपवादसूत्रमस्ति चेत् तदा सूत्रसङ्ख्या न द्रष्टव्या, केवलम् अपवादसूत्रेण एव कार्यं करणीयम्. अपवादः इत्युक्ते किं, निरवकाशत्वमेव अपवादस्य बलं भवति. निरवकाशत्वम् एव अपवादस्य लक्षणं भवति. अपि च एकमपि सूत्रं निरर्थकं मा भवतु इति पाणिनेः आशयः, एकमपि सूत्रं व्यर्थं मा भवतु इति सः चिन्तितवान्. द्वयोः सूत्रयोः एकं सूत्रम् अपवादसूत्रमस्ति चेत् तदा तत्र सूत्रसङ्ख्या न द्रष्टव्या, सूत्रसङ्ख्यायाः महत्त्वं तत्र नास्ति, केवलम् अपवादसूत्रेण एव कार्यं कुर्यात् इति एका वार्ता. अपि च सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति चेत् विप्रतिषेधे परं कार्यम् इति नियमेन निर्णयः क्रियते. निर्णयः इत्युक्ते केन सूत्रेण कार्यं भवति इति निर्णयः. सूत्रद्वयं कुत्र अस्ति इत्यस्य महत्त्वम् अस्ति. सामान्यतया अष्टाध्याय्याम् एकं विशेषसूत्रमस्ति, अधिकारसूत्रं पूर्वत्रासिद्धम् इति एकम् अधिकारसूत्रमस्ति. पूर्वत्रासिद्धम् इति अधिकारसूत्रस्य अधिकारः सम्पूर्ण अष्टाध्याय्याम् अस्ति. इत्युक्ते सपादसप्ताध्यायीसूत्रं प्रति त्रिपादीसूत्राणि असिद्धानि भवन्ति. एवमेव त्रिपाद्याम् अपि पूर्वसूत्रं प्रति परसूत्रम् असिद्धं भवति इति तेन नियमेन उच्यते. पूर्वत्रासिद्धम् इत्यस्मिन् अपि शास्त्रासिद्धं कार्यासिद्धम् इति नियमद्वयम् अस्ति. एतत् सर्वम् अस्मिन् करपत्रे आयास्यति. चिन्ता मास्तु, वयं सर्वे मिलित्वा चिन्तनं करिष्यामः. कानिचन उदाहरणानि स्वीकृत्य अवलोकयाम. करपत्रं पश्यन्तु. अष्टाध्याय्याः सूत्रक्रमायोजनं किम् इति दत्तमस्ति. सत्यभामा भगिनी आरम्भं करोतु.
अष्टाध्याय्याः सूत्रक्रम आयोजनं किम्? प्रश्नः समीचीनः एव. यथा किमर्थं समाससम्बन्धानि सूत्राणि ग्रन्थस्य आरम्भे, किञ्च सन्धिसम्बन्धानि सूत्राणि ग्रन्थस्य अन्ते? किमर्थं प्रत्ययेषु सनादयः प्रत्ययाः प्रथमाः? यः शिष्यः अस्ति तस्य कृते पाठ्यक्रमः निर्मितः इति न भाति. नाम अष्टाध्याय्याः बहिः तादृशः बाह्यतर्कः न दृश्यते यत् अध्येतॄणां कृते लाभदायकः स्यात्. उत्तरमस्ति यत् अष्टाध्याय्याः अन्तः एव कश्चन सुन्दरतर्कः अस्ति. तस्य च तर्कस्य लक्षणम् अस्ति ग्रन्थस्य लघुत्वं, येन सूत्राणि अतिन्यूनानि स्युः, किन्तु विषयः सम्पूर्णः स्यात्. तदर्थं सर्वं कृतं, तदर्थम् एतादृशक्रमः विरचितः. लघुत्वस्य सिद्ध्यर्थम् अनुवृत्ति सर्वत्र अनुस्यूता भवेत्. सूत्राणां बलाबलं समन्वितं स्यात्.
तावत् पद्धतु.
प्रथमं किम् उक्तम् इति चेत् अष्टाध्याय्याः सूत्रक्रमस्य आयोजनं आयोजनं किम् इति प्रश्नः. इत्युक्ते अत्र कथं सूत्राणाम् आयोजनं कृतम् इति चेत् समाससम्बन्धानि सूत्राणि ग्रन्थस्य आरम्भभागे वर्तते, सन्धिसम्बन्धानि सूत्राणि ग्रन्थस्य अन्ते वर्तते. तद् वयं पूर्वमेव दृष्टवन्तः. स्वरसन्धिसूत्राणि षष्टाध्याये वर्तते, विसर्गसन्धिसूत्राणि अष्टमाध्याये वर्तते, परन्तु समाससम्बन्धानि सूत्राणि प्रथमाध्याये आगच्छति. द्वितीयाध्याये आगच्छति. अपि च प्रत्ययाधिकारः मध्ये चतुर्थपञ्चमाध्याये वर्तते. यः शिष्यः अस्ति तस्य कृते पाठ्यक्रमः निर्मितः इति न भाति. एतादृशम् अस्ति इति कृत्वा वयं कीदृशम् अत्र यत्र आयोजनं कृतं, यदा एतादृशम् आयोजनं कृतं तत्र यत् एतत् शिष्यस्य सरलरीत्या अवगमनम् इति नास्ति इति भाति इति उक्तं. परं तस्मिन् विषये किमपि अन्यत् न उक्तं, परन्तु अत्र एकः तर्कः इति उक्तं, परन्तु तादृश तर्कः बहिः नास्ति. अष्टाध्याय्याः मध्ये एव वर्तते, यतोहि अत्र कस्य सूत्रस्य प्रसक्तिः आदौ वर्तते, आयोजनस्य प्रसक्तिः किमर्थम् एतादृशम् अभवत् इत्यस्य विषये एव तर्कः इति.
उत्तमं. सूत्रक्रमः इति समस्तपदं विग्रहवाक्यं वदतु.
सूत्रस्य क्रमः, सूत्राणां क्रमः,
सूत्रक्रमायोजनम्.
सूत्रक्रमस्य आयोजनम्.
उभयत्रापि षष्ठी तत्पुरुषसमासः एव अस्ति. सूत्रक्रमायोजनम् इत्यत्र सवर्णदीर्घसन्धिः अपि अस्ति. इत्युक्ते समासे सन्धिः नित्यः. समाससम्बद्धसूत्राणि द्वितीयाध्याये सन्ति. समाससम्बद्धसूत्राणि द्वितीयाध्याये सन्ति, किन्तु सन्धिसम्बद्धसूत्राणि किमर्थं षष्ठाध्याये कानिचन सूत्राणि सन्ति? यथा भवत्या उक्तं, षष्ठाध्याये स्वरसन्धिसूत्राणि अच्सन्धिसूत्राणि सन्ति, त्रिपाद्यां हल्सन्धिसूत्राणि विसर्गसन्धिसूत्राणि सन्ति. किमर्थं तथा? सूत्राणाम् आयोजनक्रमः तादृशरीत्या किमर्थम् अस्ति इति प्रश्नः. अस्मिन् परिच्छेदे त्रयः प्रश्नाः सन्ति, ते के वदतु.
प्रथममस्ति किमर्थम् एतादृशक्रमः इति. सूत्राणि आरम्भे अस्ति, सन्धिसम्बन्धसूत्राणि अन्ते अस्ति, अपि च सनादप्रत्ययः प्रथमभागे अस्ति. इति त्रयः प्रश्नाः. अपि च अत्र इतोपि द्वितीयपङ्क्ति अपि अत्र उत्तरमेव उक्तम्.
अत्र त्रयः प्रश्नाः सन्ति. समाससम्बद्धसूत्राणि सर्वाणि आरम्भे एव किमर्थं दत्तानि? द्वितीयाध्याये किमर्थं स्थापितानि? अपि च सन्धिसम्बद्धसूत्राणि ग्रन्थस्य अन्ते किमर्थं सन्ति? यदा समासः भवति तदा सन्धिः नित्यः, तथापि सन्धिसम्बद्धसूत्राणि अष्टमाध्याये इत्युक्ते त्रिपाद्यां स्थापितानि सन्ति. एवमेव प्रत्ययाधिकारः अस्ति तृतीयाध्याये. प्रत्ययाधिकारे तत्र सनादिप्रत्ययाः आदौ दीयन्ते, पञ्चमाध्याये तद्धितप्रत्ययाः दीयन्ते. अपि च समासप्रसङ्गे एव समासान्तप्रत्ययाः नाम्ना समासान्तप्रत्ययानां विधानं भवति. समासप्रसङ्गे एव विधानार्थं कानिचन सूत्राणि सन्ति, तानि सूत्राणि तद्धिताधिकारे स्थापितानि सन्ति. एवं किमर्थं कृतमस्ति इति प्रश्नः उदेति. तस्य उत्तरमेव द्वितीयपरिच्छेदे दत्तमस्ति. अष्टाध्यायी ग्रन्थे सूत्राणि कथं स्थापितानि इत्यस्य विवरणम् अत्र दत्तमस्ति. अध्येतॄणाम् इति लिखितम् अस्ति, किं रूपं भगिनी वदतु?
अध्येतृ इति प्रातिपदिकमस्ति, तस्य षष्टिविभक्ति अस्ति. अध्येतॄणाम् इति
षष्टि बहुवचनम्. अध्येतॄणाम् अध्येतृ इति तृजन्तप्रातिपदिकम् अस्ति. पुंलिङ्गे अध्येता भवति, स्त्रीलिङ्गे अध्येत्री भवति. अत्र षष्टिविभक्ति बहुवचनरूपं दत्तमस्ति. अष्टाध्यायी ग्रन्थे सूत्राणि कथं स्थापितानि, एवं रीत्या किमर्थं स्थापितानि, अध्येतॄणां लाभदायकः तर्कः अत्र नास्ति. अस्मिन् ग्रन्थे तादृशतर्कः नास्ति. छात्राणां कृते सः तर्कः लाभदायकः नास्ति. पठनपाठनसमये सः तर्कः लाभदायकः नास्ति इति केचन जनाः चिन्तयन्ति, किन्तु अस्मिन् ग्रन्थे तर्कः तु अस्ति. सः भिन्नतर्कः, सुन्दरतर्कः अस्ति. सः तर्कः कः इति द्वितीयपरिच्छेदे दत्तमस्ति. इत्युक्ते अष्टाध्यायीग्रन्थे सूत्राणि एतादृशक्रमेण, समाससूत्राणि आदौ, सन्धिसूत्राणि अन्ते, एतादृशरीत्या किमर्थं स्थापितानि पाणिनिना, अस्य महत्वम् अस्ति वा इति प्रश्ने सति महत्वम् अस्ति. किमर्थं सः एवं कृतवान् वदतु.
किमर्थम् एतादृशं कृतम् इत्येय तर्कस्य लक्षणं ग्रन्थस्य, एकं तु ग्रन्थस्य लघुत्वम् इति उक्तं, येन सूत्राणि अनि अतिन्यूनानि स्युः. इत्युक्ते सूत्रस्य लघुत्वं यदा इच्छति इत्युक्ते एकस्मिन् स्थले सर्वाणि सूत्राणि वर्तते इति तु एकं कार्यमस्ति. अपि च अनुवृत्ति इति अस्ति, किन्तु विषयः सम्पूर्णः स्यात्. यत्र यद्यपि सूत्राणि लघु अस्ति, तदापि विषयः सम्पूर्णतया ज्ञातव्यम् इति कृत्वा यत्र यत्र अनुवृत्ति आवश्यकं तदेव अत्र सर्वत्र अनुस्यूता भवेत् इति उक्तं, सर्वत्र अनुवृत्तिरूपेण यानि पदानि आवश्यकानि तत्सर्वम् आगच्छति। अपि च सूत्राणां बलाबलसमन्वितं स्यात् इति, इत्युक्ते अत्र सूत्रक्रमाङ्कः किमर्थं मुख्यम् इति चेत् तदा एव सूत्राणां बलाबलचिन्तनं सम्यक् कर्तुं शक्यते तत् स्वीकृत्य।
साधु एव, भवती अवगतवती एव, मम अवगमनं कथमस्ति इति एकवारं वदामि। यद्यपि समासे सन्धिः नित्यः, तथापि सन्धिसम्बद्धसूत्राणि द्वितीयाध्याये न स्थापितानि, किमर्थम् इति प्रश्नः। इत्युक्ते षष्ठाध्याये सन्धिसूत्राणि सन्ति, अष्टमाध्याये हल्सन्धिसूत्राणि, विसर्गसन्धिसूत्राणि सन्ति, षष्ठाध्याये संहिताधिकारः नाम्ना एकः अधिकारः अधिकारसूत्रमस्ति, संहिताधिकारः अस्ति। समासप्रकरणे सन्धिसूत्राणि न दत्तानि। एवमेव सनादिप्रत्ययाः तृतीयाध्याये सन्ति, तद्धितप्रत्ययाः समासान्तप्रत्ययाः पञ्चमाध्याये सन्ति। अत्र तर्कः कः? पाणिनेः लक्ष्यम् एकमेव अस्ति, लक्ष्यमस्ति ग्रन्थस्य लघुत्वं। ग्रन्थस्य लघुत्वम् इत्युक्ते
न्यूनानि सूत्राणि, अपि च सूत्रं बहु लघु इत्युक्ते न्यूनानि पदानि भवेत् इति,
न्यूनानि अक्षराणि भवेयुः,
अक्षराणि।
पाणिनेः मुख्यलक्ष्यम् अस्ति ग्रन्थस्य लघुत्वसिद्धिः, तत्र सूत्राणि न्यूनानि भवेयुः, अतिन्यूनानि सूत्राणि, सूत्रेषु अक्षराणि अपि न्यूनानि भवेयुः, किन्तु विषयः तु सम्पूर्णः स्यात् इति तस्य लक्ष्यम् अस्ति। तद् लक्ष्यं कार्यद्वयेन सह साधितवान्, कार्यद्वयं कृत्वा सः साधितवान्। प्रथमं कार्यमस्ति अनुवृत्तीनां प्रतिपादनं, सूत्राणां बलाबलचिन्तनम् इति सिद्धान्तः, इति कार्यद्वयेन सः लघुत्वं साधितवान् तस्मिन् ग्रन्थे। इत्युक्ते अनुवृत्तीनां प्रतिपादनेन अपि च सूत्राणां बलाबलचिन्तनम् इति सिद्धान्तस्य प्रतिपादनेन सः तस्मिन् ग्रन्थे लघुत्वं साधितवान्, अनुवृत्तीनां प्रतिपादनं कृतवान् इति वयं ज्ञातवन्तः। तदर्थम् उदाहरणानि परिशीलनीयानि खलु? भवती जानाति चेत् वदतु एकम् उदाहरणम्।
सार्वधातुकार्थधातुकयोः इति सूत्रमस्ति, अस्य अनुवृत्ति अस्ति पुगन्धलघुपदस्य च इति सूत्रे, यतोहि अत्र पुगन्धलघुपदस्य च इति अस्मिन् सूत्रे अत्र कुत्र भवति इत्युक्ते निमित्तं न उक्तं, परन्तु इदानीम् इदं सूत्रम् अत्र आगच्छति चेत् सार्वधातुकार्थधातुकयोः इति अपि आगच्छति चेत् तत् ज्ञातुं शक्यते, पुगन्धस्य लघुपदस्य च सार्वधातुकार्थधातुकप्रत्ययपरे गुणादेशः भवति। अपि च अस्मिन्नेव सूत्रे इकः गुणः एतयोः पदयोः अपि अनुवृत्ति आगच्छति, निन्देर्गुणः इति सूत्रात् गुणः इति पदस्य, इको गुणवृत्तिः इति सूत्रात् इकः इति पदस्य।
उत्तमम्, अनुवृत्तिरूपेण पदानि आयान्ति। कानिचन अन्यानि उदाहरणानि वदामि। वयं जानीमः खलु एकं सूत्रमस्ति क्णितिच इति सूत्रमस्ति, क्णितिच इति सूत्रं गुणवृद्धिनिषेधकसूत्रमस्ति, तेन सूत्रेण अङ्गकार्यमेव भवति। अङ्गस्य इति अधिकारसूत्रमस्ति, अङ्गस्य इति अधिकारसूत्रं सप्तमाध्याये अस्ति, किमर्थं क्णितिच सूत्रं सप्तमाध्याये न स्थापितम् इति प्रश्नः उदेति। क्णितिच सूत्रेण अङ्गकार्यमेव भवति, अङ्गकार्यस्य निषेधः भवति, गुणवृद्धिनिषेधकसूत्रम् इदम्। क्णितिच इति सूत्रम् अष्टाध्यायी ग्रन्थस्य प्रथमपादे स्थापितमस्ति, सप्तमाध्याये किमर्थं न स्थापितम्? अङ्गस्य इति अधिकारे सप्तमाध्याये इदं सूत्रं किमर्थं न स्थापितम् इति प्रश्नः उदेति। कारणं किम् इति प्रश्ने सति अनुवृत्त्यर्थं क्णितिच इति सूत्रं प्रथमाध्याये स्थापितमस्ति, एवं रीत्या लघुत्वं साधितवान्। एकम् अन्यत् उदाहरणम् अहं वदामि। जुहोत्यादिगणस्य प्रसङ्गे द्वित्वकार्यं भवति इति वयं पठितवन्तः, इत्युक्ते सार्वधातुकप्रक्रियायां जुहोत्यादिगणीयधातुषु द्वित्वकार्यं भवति। यत्र यत्र द्वित्वकार्यं भवति तत्र अभ्याससंज्ञाम् आश्रित्य अभ्यासकार्याणि भवन्ति। अभ्यासकार्याणि कर्तुं कानिचन सूत्राणि सन्ति, अभ्यासकार्यसम्बद्धानि बहूनि सूत्राणि सप्तमाध्याये सन्ति। सप्तमाध्याये एकत्र अभ्यासे कार्यसम्बद्धसर्वाणि सूत्राणि एकत्र सप्तमाध्याये सन्ति, किन्तु एकमेव सूत्रम् अभ्यासे चर्च इति एकं सूत्रमस्ति. अभ्यासे चर्च इति पदत्रयमस्ति तस्मिन् सूत्रे. अभ्यासे चर्च तत् सूत्रं तु त्रिपाद्याम् अस्ति. अभ्यासकार्यसम्बद्धानि बहूनि सूत्राणि प्रथमभागे सन्ति. किमर्थम् अभ्यासे चर्च इति सूत्रं तत्र न स्थापितं सपाद सप्ताध्याय्याम्? इत्युक्ते सप्तमाध्याये किमर्थं तत् सूत्रं न स्थापितं? त्रिपाद्यां तत् सूत्रं किमर्थं स्थापितमस्ति? सूत्राणां बलाबलचिन्तनम् इति सिद्धान्तः तत्र न अन्वेति. तेन कारणेन तत् सूत्रं तत्र न त्रिपाद्यां न स्थापितं. केवलम् अनुवृत्त्यर्थम् एव त्रिपाद्यां तत् सूत्रं स्थापितम् अस्ति. तत् सूत्रं कुत्र अस्ति त्रिपाद्यां? खरीच इति सूत्रात् पूर्वम् अस्ति. इत्युक्ते अभ्यासे चर्च इति सूत्रात् परं खरीच इति सूत्रम् अस्ति. अभ्यासे चर्च इति सूत्रात् चर् इति पदं खरिच इत्यस्मिन् सूत्रे अनुवृत्तिरूपेण आयाति. इत्युक्ते अनुवृत्त्यर्थं तत् सूत्रं तत्र स्थापितम्. एवं रीत्या बहुत्र बहूनि पदानि पूर्वसूत्रात् अनुवृत्तानि भवन्ति. एवम् अनुवृत्तीनां प्रतिपादनेन अनुवृत्तीनां कारणेन सः तस्मिन् ग्रन्थे लघुत्वं साधितवान्. इतोपि एकः विषयः अस्ति. सामान्यतया अनुवृत्तिः पूर्वसूत्रात् अग्रिमेषु सूत्रेषु एव भवति. इत्युक्ते पूर्वसूत्रात् एव कानिचन पदानि अग्रिमेषु सूत्रेषु अनुवृत्तिरूपेण आयान्ति. सः सामान्यनियमः. किन्तु कदाचित् विरलतया, इत्युक्ते रेर्लि, परसूत्रात् अपि पूर्वसूत्रं प्रति अनुवृत्तिः गन्तुं शक्नोति. तादृशी स्थितिः अपि व्याकरणे अस्ति, किन्तु विरलतया दृश्यते. तस्य नाम अपकर्षः. तदपि भवितुं शक्नोति. इत्युक्ते परसूत्रात् विरलतया अनुवृत्तिः पूर्वसूत्रं प्रति गन्तुं शक्नोति. तस्य नाम अपकर्षः. अन्यप्रकारक अनुवृत्तिः अपि अस्ति. मण्डूकप्लुतिः नाम्ना एका अनुवृत्तिः अस्ति. मण्डूकप्लुतिः इत्युक्ते लैक् ए जम्प् आफ् ए फ्राग्. अनुवृत्ति अपियर्स् नार्मल्लि. अनुवृत्ति इस् अनइंटरप्टेड्, बट् समटैम्स् इट् इस् इण्टरप्टेड् बै मेनि सूत्रास् एण्ड् इट् रीअपियर्स् आफ्टर् समटैम् इन् अनदर् सूत्रम्. मण्डूकप्लुतिः इत्युक्ते एकस्य सूत्रस्य अनन्तरं बहूनि सूत्राणि सन्ति चेदपि पूर्वसूत्रात् अग्रिमेषु सूत्रेषु अनुवृत्तिः किञ्चित् कालपर्यन्तं न दृश्यते, किन्तु बहूनां सूत्राणाम् अनन्तरम् अकस्मात् एकस्मिन् सूत्रे बहुपूर्वस्मात् सूत्रात् मण्डूकप्लुत्या अनुवृत्तिः आयाति. स एव मण्डूकप्लुतिः. सा एकप्रकारक अनुवृत्तिः. एवं रीत्या पाणिनिः ग्रन्थस्य लघुत्वं साधितवान्. नरेश महोदय, भवान् वदतु, भवान् किम् अवगतवान्?
अस्ति, अत्र अनुवृत्तिः अस्ति. न्यूनं कर्तुम् अनुवृत्तिः करोमि, परन्तु प्रायः अनुवृत्तिः पूर्वम् आयाति, अतः तस्य उपयोगं परं कुर्मः. परन्तु किमपि स्थाने तत् अनुवृत्ति परं सूत्रात् तः आगच्छति, तत् अपकर्षः अस्ति. अपि च मण्डूकप्रवृत्ति तत् अस्ति यत्र अनुवृत्तिः अस्ति, तत् इमिडियेट्लि आफ्टर् न आगच्छति. तत् कानि सूत्राणि मध्ये सन्ति तत् अन्त तत् अनुवृत्तिः आगच्छति.
बहु सम्यक्. मण्डूकप्लुतिः इत्युक्ते मण्डूकः यथा गच्छति अथवा मण्डूकस्य गमनं यथा भवति तथा एव बहुपूर्वस्मात् सूत्रात् अनुवृत्तिः बहूनां सूत्राणाम् अनन्तरम् एकस्मिन् सूत्रे अकस्मात् आयति. सा एव मण्डूकप्लुति गतिः. अग्रिमपरिच्छेदं प्रति गच्छेम. भवान् पठतु.
अनुवृत्तिविषये अस्माकं परिचयस्तु जातः, अधुना सूत्राणां बलाबलप्रसङ्गे वक्तव्यम्। यदा किञ्चन पदं निर्मीयते तदा निर्माणार्थं सोपानानि सन्ति, एकैकस्मिन् सोपाने कार्यं वर्तते। केन क्रमेण इदं सर्वं स्यात्, च कस्मिंश्चित् अवसरे किं सूत्रम् आगत्य कार्यं कुर्यात् इति निर्णेतुं सूत्राणां बलाबलं भवति। एकस्मिन् समये द्वयोः सूत्रयोः प्रसक्तिः अथवा बहूनां सूत्राणां प्रसक्तिः, तर्हि तत्र कस्य सूत्रस्य अधिकारो भवेत्? अत्र एकः सिद्धान्तो वर्तते बलाबलं नाम्ना। बलाबलस्य निर्णयार्थं प्रमुखसूत्रद्वयं विद्यते, अपि च परिभाषाद्वयम्। इमे द्वे सूत्रे द्वे परिभाषे च अनुवृत्त्या सह सर्वक्रमं संवाहयन्ति। अत्र अनुवृत्तिविषय दत्तमस्ति, तदा यदा निर्मीयते तदा पदनिर्माणं विषये कानिचन सोपानानि सन्ति, तत्र किं भवति, ये एकस्मिन् स्थाने यदि द्वे अथवा बहूनां सूत्राणां कार्यं कर्तुम् आगच्छन्ति तदा कस्य किं सूत्रं प्रयुक्तं, तत् अस्ति कस्य अधिकारः भवति, तत् तु तं चिन्तनम् अस्ति। तस्य कृते बलाबलं चिन्तनस्य कृते तत्र द्वे सूत्रे स्तः द्वे परिभाषाः स्तः, तत् अग्रे अहं चिन्तयामि दत्तमस्ति।
बहु सम्यक्। अनुवृत्तिविषये अस्माकं परिचयस्तु जातः इति लिखितम् अस्ति। सत्यभामा भगिनी वदतु, परिचयस्तु जातः, तत्र विसर्गसन्धिकार्यमस्ति, वदतु।
परिचयः अत्र सकारः अस्ति, सकारस्य परिचयः तु,
तत्र विसर्गः अस्ति,
विसर्जनीयस्य सह इति सूत्रेण विसर्गस्य स्थाने सकारादेशः भवति।
कदा?
खरीपरे।
खरीपरे, उत्तमम्। अत्र खर्वर्णः कः?
तकारः।
उत्तमं। परिचयः तु इत्यत्र विसर्गसन्धिकार्यमस्ति, विसर्जनीयस्य सह इति सूत्रमस्ति। तस्मिन् सूत्रे खरी इति पदं पूर्वसूत्रात् अनुवृत्तं भवति, खरीपरे एव। अत्र खर्वर्णः तकारः। अनुवृत्तीनां प्रसङ्गे वयं जानीमः, अनुवृत्तिविषयः परिचितः एव, किन्तु अस्मिन् करपत्रे सूत्राणां बलाबलप्रसङ्गे ज्ञातव्यम्। महोदयेन उक्तमेव, सूत्राणां बलाबलम् इति सिद्धान्तः कदा आवश्यकं भवति, प्रक्रियाकाले पदानां निर्माणसमये यदा पदनिर्माणं भवति तत्र बहूनां सूत्राणां प्रयोगः भवति, तत्र बहूनि सोपानानि सन्ति। तिङन्तपदमस्ति चेत् धातुः प्रकृतिः भवति, सुबन्तपदमस्ति चेत् प्रातिपदिकं प्रकृतिः भवति, प्रकृतिप्रत्ययोः मेलनं भवति सूत्राणां द्वारा, सूत्रैः प्रकृतिप्रत्ययोः मेलनं कुर्मः, तस्मिन् समये बहूनि सोपानानि सन्ति, बहूनां सूत्राणां कार्याणि भवन्ति तस्मिन् अवसरे, बहूनां सूत्राणाम् आधारेण कार्याणि कुर्मः तस्मिन् समये, तस्मिन् सन्दर्भे एकस्मिन् समये सूत्रद्वयम् अथवा बहूनि सूत्राणि आगत्य कार्यं कर्तुम् उद्युक्तानि भवन्ति चेत् अस्माकं पार्श्वे कः उपायः अस्ति, किं करणीयं, केन आधारेण कस्य सूत्रस्य कार्यं भवति इति निर्णयः भवति, तस्य निर्णयार्थम् एव सूत्रद्वयमस्ति, परिभाषाद्वयमस्ति। विप्रतिषेधे परं कार्यम् इति एकं सूत्रं, पूर्वत्रासिद्धम् इति अन्यत् सूत्रमस्ति. एका परिभाषा अस्ति पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति एका परिभाषा अस्ति. परिभाषाः नागेशभट्टेन लिखिताः. लघुत्वसिद्ध्यर्थं पाणिनिः एवं कृतवान्. लघुत्वं, लाघवं, लघुता इमानि पदानि समानार्थकपदानि. लघुत्वम् इत्युक्ते सूत्राणि अल्पाक्षरयुक्तानि, अपि च सूत्राणि न्यूनानि भवेयुः. भवन्तः सर्वे जानन्ति खलु अर्धमात्रालाघवेन वैयाकरणाः पुत्रोत्सवं मन्यन्ते इति वदन्ति. इत्युक्ते शार्टनिङ्ग् आफ् ए सूत्र बै ए हाफ् ए सिलबल् गिव्स् ग्रमेरियन्स् एस् मच् जाय् एस् द बर्त् आफ् ए सन् इति तस्य अर्थः. अर्धमात्रालाघवेन वैयाकरणाः पुत्रोत्सवं मन्यन्ते. अष्टाध्यायीग्रन्थे पाणिनिः अनुवृत्तीनां कारणेन लाघवं साधितवान्, अपि च सूत्राणां बलाबलम् इति सिद्धान्तस्य प्रतिपादनेन अपि सः लघुत्वं साधितवान्. अग्रे महाभाष्यवाक्यं लिखितम् अस्ति अस्मिन् अवसरे एव, तत् अवश्यं स्मर्तव्यम्. नरसिंह हेग्डे महोदय, भवान् पठतु
महाभाष्यवाक्यम्. अन्यत्र अन्यत्र लब्धावकाशयो एकत्र प्राप्तिः तुल्यबलविरोधः. लब्धः अवकाशः यस्य तत् लब्धावकाशं सूत्रम्. यदि द्वे सूत्रे स्तः तयोः द्वयोरपि अन्यत्र क्वचित् कार्यं कर्तुम् अवकाशः अस्ति, अपि च यदि इमे सूत्रे युगपत् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छतः तर्हि इमे सूत्रे तुल्यबले उच्यते. अपि च समानस्थले समानकाले कार्यं कर्तुं तयोः द्वयोः यः परस्परसङ्घर्षः सः तुल्यबलविरोधः इत्युच्यते. यथा सुपि च अदन्ताङ्गस्य स्थाने सितस्य अकारस्य अङ्गदेशः भवति ययादि सुप्रत्ययपरे. अनुवृत्तिसहितसूत्रं यञि सुपि च अङ्गस्य अतः दीर्घ वृक्षयोगभ्यां वृक्षयोग आयोगभ्यां वृक्षाभ्यां बहुवचने जल्येत्. अदन्ताङ्गात् अन्ते सितस्य अकारस्य एकारादेशो भवति जलादि बहुवचनार्थ सुप्रत्ययपरे. अनुवृत्तिसहितसूत्रं बहुवचने जलि सुपि अङ्गस्य अतः एत् वृक्षयोगसु वृक्षयोग ए योगसु वृक्षेषु वृक्षयोगभ्याम् इत्यस्थितौ सुपि च इत्यस्य प्रसक्तिरस्ति. बहुवचनं जलेत् इत्यस्य प्रसक्तिर्नास्ति, तद्भ्यां बहुवचनार्थं नास्ति. वृक्षयोगसु इति स्थितौ बहुवचनं जलेत् इत्यस्य प्रसक्तिरस्ति, सुपि च इत्यस्य प्रसक्तिर्नास्ति, यतः सुप्ययादि नास्ति. अतः उभयत्र एकत्र प्राप्तिः नास्ति, सूत्रविरोधः नास्ति, उभयत्र एकस्य एव सूत्रस्य प्रसक्तिः. वृक्षयोगभ्यः अत्र किं भवति इति पश्यामः. बेस् ययादिसुप्रत्ययः तु सुपि च इत्यस्य प्रसक्तिरस्ति. बेस् जलादिबहुवचनात् सुप्रत्ययः अथ बहुवचनजले इत्यस्य प्रसक्तिरस्ति. द्वे अपि सूत्रे अन्यत्र लब्धावकाशः अपि च तयोः अधुना एकत्र प्राप्तिः वृक्षयोगभ्यस् इत्यस्य अंशितौ, अतः अत्र तुल्यबलविरोधः वर्तते. द्वयोः सूत्रयोः कस्य अत्र अवकाशः भवेत् इति निर्णेतुम् अग्रे पठेम. अत्र तुल्यबलविरोधः इति विषये दत्तमस्ति उदाहरणसहितं. तुल्यबलविरोधः इत्युक्ते तत्र एकस्मिन् स्थले एकस्मिन् काले यदि सूत्रद्वयम् आगच्छति अनन्तरं तेषाम् अन्यत्र अन्यत्र स्वतन्त्रतया कार्यं कर्तुम् अवकाशः अपि अस्ति, तर्हि तत् तुल्यबलविरोधः इति उच्यते. तस्य अन्यत् नाम अस्ति प्रतिषेधम्.
महोदय, एकवारं महाभाष्यवाक्यं पुनः पठतु.
अन्यत्र अन्यत्र लब्धावकाशयो
पदविच्छेदम् अकृत्वा वदतु.
अन्यत्र अन्यत्र लब्धावकाशयोरेकत्र प्राप्तिः तुल्यबलविरोधः.
अस्मिन् वाक्ये सन्धिकार्याणि सन्ति खलु? एकवारं सन्धिकार्यं वदतु. अन्यत्र अन्यत्र लब्धावकाशयोरेकत्र प्राप्तिः तुल्यबलविरोधः.
अन्यत्र अन्यत्र इत्युक्ते सर्वाधिकसन्धि अस्ति, अन्यत्र अन्यत्र भवति. लब्ध अवकाशयोः एकत्र प्राप्तिः विसर्गसन्धि योरेकत्र प्राप्तिः. अनन्तरं तत्र प्राप्तिः तुल्यबलविरोधः, तत्र पुनः विसर्जनीय सह प्राप्तिस्तुल्यबलविरोधः, त्रीणि सन्धयः सन्ति.
त्रयः सन्धयः सन्ति. अन्यत्र योगः अन्यत्र इत्यत्र सवर्णदीर्घसन्धिः अस्ति. लब्धयोगः अवकाशः इत्यत्र लब्धावकाशः इति सवर्णदीर्घसन्धिः अस्ति. लब्धावकाशयोः एकत्र इत्यत्र विसर्गसन्धिकार्यमस्ति. पुनः विसर्गसन्धिकार्यमस्ति प्राप्तिः तुल्यबलविरोधः प्राप्तिस्तुल्यबलविरोधः इति भवति अन्यत्रान्यत्र लब्धावकाशयोरेकत्र प्राप्तिः तुल्यबलविरोधः तुल्यबलविरोधः नाम किम् इति अनेन वाक्येन ज्ञायते अन्यत्रान्यत्र लब्धावकाशयोरेकत्र प्राप्तिः इति एव तुल्यबलविरोधः लब्धावकाशं विग्रहवाक्यं वदतु
लब्धावकाशम्
अत्र दत्तमस्ति
लब्धः
अवकाशः यस्य तत् लब्धावकाशम् इति नपुंसकलिङ्गपदमस्ति सूत्रं सूत्रं कीदृशं सूत्रं लब्धावकाशं सूत्रम् इति पदस्य विशेषणं भवति इत्युक्ते बहुव्रीहिसमासयुक्तानि पदानि अन्यपदस्य विशेषणानि भवन्ति अत्र सूत्रम् इति पदस्य विशेषणमस्ति लब्धावकाशम् अतः विग्रहवाक्यं कथं लिखितमस्ति लब्धः अवकाशः यस्य तत् लब्धः अवकाशः यस्य सः इति विग्रहवाक्यमस्ति चेत् तत्र समस्तपदं लब्धावकाशः इति भवति किन्तु अत्र सूत्रं लब्धावकाशम् इत्युक्ते सूत्रस्य कृते अवकाशः लब्धः अन्यत्र इति लब्धः अवकाशः यस्य तत् लब्धावकाशं सूत्रं द्वयोः सूत्रयोः कृते युगपत् युगपत् एकत्र प्राप्तिः अस्ति चेत् इत्युक्ते एकस्मिन् स्थले कार्यं कर्तुं सूत्रद्वयम् आगच्छति चेत् पुनः वदामि द्वयोः कृते कार्यं कर्तुम् अन्यत्र अवकाशः अस्ति तादृशसूत्रद्वयम् एकस्मिन् स्थले एकत्र कार्यं कर्तुं युगपत् कार्यं कर्तुम् आगच्छतः चेत् तयोः नाम अस्ति तुल्यबले सूत्रे ते द्वे सूत्रे तुल्यबले स्तः इति वक्तव्यमस्ति इत्युक्ते द्वयोः कृते अन्यत्र कार्यं कर्तुं लब्धावकाशः अस्ति तादृशसूत्रद्वयम् एकस्मिन् समये एकस्मिन् स्थले कार्यं कर्तुम् आयाति तस्मिन् सन्दर्भे इमे द्वे सूत्रे तुल्यबले स्तः इति वक्तव्यमस्ति तुल्यबलविरोधः समानकाले समानस्थले ययोः सूत्रयोः कृते अन्यत्र लब्धावकाशः अस्ति तादृशसूत्रद्वयं समानस्थले समानकाले कार्यं कर्तुम् एकत्र आयाति चेत् तयोः द्वयोः मध्ये यः परस्परसङ्घर्षः भवति तदेव तुल्यबलविरोधः अस्य परिच्छेदस्य अवगमनार्थम् अधोभागे एकं चित्रं दत्तमस्ति चित्राकुमार् महोदयायाः चित्रमस्ति चित्रस्य दर्शनेन वयं सुलभतया अवगन्तुं शक्नुमः विप्रतिषेधः इति लिखितमस्ति चित्रम् एकवारं पश्यतु दृष्ट्वा वदतु अत्र किमस्ति
अत्र यत् येलो मध्ये अस्ति तत् सुपिचयस्य कार्यं भवति तत्र यत् पिङ्क् मध्ये अस्ति तत्र बहुवचने जल्येत् इति कार्यं करोति यत्र मध्ये यत् अस्ति तत्र द्वयो अपि आगच्छति तत्र विप्रषेधः भवति वृक्षयोगेभ्यस्य तत् वृक्षयोगसुपि तत्र केवलं बहुवचने जल्येत् वृक्षयोगभ्याम् इत्यत्र केवलं सुपि च परन्तु तत्र वृक्षयोगेभ्यस्ति देर् विप्रतिषेध बिकास् बोत् सूत्रस् कम् टुवर् सूत्रद्वयमपि तत्र आगच्छति भोजने जले अनन्तरं सुपि च द्वय सूत्र अत्र प्रसक्तिः भवति यत्र समानकाले समानस्थले तत् अपि विप्रतिषेध इत्युक्ते तुल्यबलविरोधः तत्र भवति मध्ये
बहु सम्यक् सुन्दरमहोदय भवान् अपि चित्रं पश्यतु चित्रं दृष्ट्वा भवान् किम् अवगतवान्
चित्रं दृष्ट्वा अत्र विप्रतिषेधः कथं भवति इति चित्रे दत्तम् अत्र वृक्षयोगेभ्याम् इति एकत्र एकत्र स्थितिः अत्र सुपि च इति सूत्रेण वृक्षयोगेभ्याम् इति स्थितौ वृक्षाभ्याम् इति भवति अन्यत्र वृक्षयोगे सुप् इति सूत्रेण इति स्थितिः भवति तत्र बहुवचने दल्येत् इति सूत्रेण वृक्षेभ्यः इति भवति अत्र अन्यत्र लब् अवकाशः लब्धः किमर्थं चेत् किमर्थं चेत् वृक्षयुगेभ्याम् इत्यत्र सुपि च इति सूत्रं कार्यं करोति, परन्तु बहुवचने चल्येत् इत्यस्य कार्यं कदापि न भवितुम् अर्हति इति. किमर्थं चेत् भ्याम् इति द्विवचने एव तस्य कार्यं भवति, वृक्षयोगेभ्याम् इति द्विवचने एव तस्य कार्यं भवति इति कारणेन तस्य अवकाशः लब्धः. इन् द सेम् वे वृक्षयोगे सुप् इति स्थितौ अपि बहुवचने झल्येत् इति सूत्रं तत्र कार्यं करोति, परन्तु सुपि च इति सूत्रं तत्र यञादि प्रत्यये परे एव कार्यं करोति किल, तत् कारणेन तत्र बहुवचने झल्येत् इत्यत्र तत्र वृक्षयोगे सुप् इत्यत्र सुपि च इत्यस्य कार्यं न भवितुम् अर्हति इति कारणेन तत्रापि अवकाशः लब्धः. सो लैक् सूत्रद्वयस्य अन्यत्र अवकाशः लब्धः, परन्तु वृक्षयोगेभ्यस् इति स्थितौ सुपि च इत्यपि कार्यम् इति सूत्रमपि कार्यं कर्तुं शक्नोति, एवं बहुवचने जल्येत् इत्यस्य इति सूत्रमपि कार्यं कर्तुं शक्नोति इति कारणेन अत्र एकत्र प्राप्तिः इति उच्यते. तदेव एकत्र प्राप्तिः इति उच्यते वृक्षयोगेभ्यस् इति स्थितौ सुपि च इति सूत्रस्य अपि च बहुवचने जल्येत् इति सूत्रस्य द्वयोः सूत्रयोः कार्यं कर्तुम् अवकाशः भवति तत्रैव एकत्रैव अवकाशः भवति. तदेव तुल्यबलविरोधः विप्रतिषेधः इति उच्यते.
साधु महोदय, बहु सम्यक्. तदेव अहं भिन्नरीत्या वक्तुम् इच्छामि. एकवारं चित्रं पश्यन्तु, विप्रतिषेधः नाम किम् इति ज्ञातुं शक्नुमः अनेन चित्रेण. सुपि च इति एकं सूत्रमस्ति वामपार्श्वे, दक्षिणपार्श्वे बहुवचने झल्येत् इति अन्यत् सूत्रं दत्तमस्ति. अनयोः द्वयोः सूत्रयोः कृते पृथक्तया अन्यत्र कार्यं कर्तुं कार्यक्षेत्रम् अस्ति, लब्धावकाशः अस्ति. सुपि च सूत्रस्य कृते अत्र पीतवर्णचित्रमस्ति, येल्लो एरिया अस्ति. सुपि च सूत्रस्य कृते तत्र लब्धावकाशः अस्ति, पृथक्तया कार्यं कर्तुं तस्य अवकाशः तत्र अस्ति. सुपि च सूत्रस्य कृते पृथक् कार्यक्षेत्रमस्ति, एवमेव बहुवचने झल्येत् सूत्रस्य कृते अपि पृथक्तया अन्यत्र कार्यं कर्तुं कार्यक्षेत्रम् अस्ति. यत्र सुपि च सूत्रेण कार्यं भवति तत्र बहुवचने झल्येत् इति सूत्रस्य प्रसक्तिः नास्ति एव. इत्युक्ते यत्र सुपि च सूत्रस्य कार्यं भवति तत्र बहुवचने झल्येत् सूत्रस्य कार्यं न कदापि भवति. एवमेव बहुवचने झल्येत् इति सूत्रस्य कृते अपि पृथक् कार्यक्षेत्रमस्ति कार्यं कर्तुं, तत्र सुपि च सूत्रस्य कार्यं न भवति. एतत् वयं चित्रस्य दर्शनेन अवगन्तुं शक्नुमः. किन्तु अस्मिन् चित्रे एकस्मिन् स्थले द्वयोः सूत्रयोः ओवर्लेप् अस्ति, ओवर्लेप् एरिया अस्ति. ओवर्लेप् एरिया यत्र अस्ति तत्र अनयोः द्वयोः सूत्रयोः कृते एकत्र प्राप्तिः अस्ति. तादृशसन्दर्भः यत्र भवति तत्र ते द्वे सूत्रे तुल्यबले स्तः, अपि च तयोर्मध्ये विप्रतिषेधः अस्ति इति वक्तव्यं भवति. तुल्यबलं तुला इति प्रातिपदिकात् तुल्यम् इति रूपं सिध्यति. तुला इति प्रातिपदिकमस्ति, तथित प्रत्ययान्तपदं तुल्यं, तुलया समानं. तुल्यं बलम् इत्युक्ते समानं बलं. ययोः द्वयोः सूत्रयोः कृते कार्यं कर्तुम् अन्यस्मिन् स्थले पृथक्तया अवकाशः अस्ति अथवा कार्यक्षेत्रम् अस्ति, तादृशसूत्रद्वयम् एकस्मिन् स्थले कार्यं कर्तुम् आगच्छति चेत् द्वयोर्मध्ये यः सङ्घर्षः भवति तस्य नाम एव तुल्यबलविरोधः. इत्युक्ते द्वयोः सूत्रयोः तुल्यबलविरोधः अस्ति वा इति द्रष्टव्यम्. इत्युक्ते द्वयोः सूत्रयोः कृते अन्यत्र लब्धावकाशः अस्ति वा नास्ति वा इति द्रष्टव्यं। द्वयोः सूत्रयोः कृते अन्यत्र लब्धावकाशः नास्ति चेत् सूत्रद्वयं तुल्यबले नास्ति। इत्युक्ते द्वयोः कृते अन्यत्र लब्धावकाशः स्यात्, द्वयोः कृते अन्यत्र लब्धावकाशः नास्ति चेत् तत्र तुल्यबलविरोधः न सिध्यति। तुल्यबलविरोधस्य निर्णयार्थम् आदौ किं करणीयम्? द्वयोः सूत्रयोः कृते अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा इति स्पष्टतया ज्ञातव्यम्। द्वयोः सूत्रयोः कृते अन्यत्र कार्यं कर्तुं पृथक्तया कार्यक्षेत्रम् अस्ति वा इति अस्माभिः आदौ परिशीलनीयम्। अन्यत्र अन्यत्र लब्धावकाशः अस्ति अपि च एकत्र प्राप्तिः अस्ति चेदेव द्वयोर्मध्ये सङ्घर्षः भवति, तदा निर्णयार्थं विप्रतिषेधे परं कार्यम् इति सूत्रम् आगत्य सहायं करोति। द्वयोः सूत्रयोः मध्ये आदौ तुल्यबलविरोधः अस्ति वा, इत्युक्ते द्वयोः कृते अन्यत्र कार्यं कर्तुं कार्यक्षेत्रम् अस्ति वा इति द्रष्टव्यम्। तत्सूत्रद्वयम् अष्टाध्यायीग्रन्थे कुत्र अस्ति? सपादसप्ताध्यायीयाम् अस्ति वा, नो चेत् त्रिपाद्याम् अस्ति वा इति अपि ज्ञातव्यम्। इत्युक्ते द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति अपि च तत् सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति, तदानीम् एव विप्रतिषेधे परं कार्यम् इति अधिकारसूत्रेण परसूत्रस्य कार्यं कुर्मः। द्वयोर्मध्ये तुल्यबलविरोधः अस्ति किन्तु तत्सूत्रद्वयं त्रिपाद्याम् अस्ति चेत् भिन्नचिन्तनं भवति। द्वयोर्मध्ये तुल्यबलविरोधः नास्ति चेत् अग्रे गमनस्य आवश्यकता एव नास्ति। द्वयोर्मध्ये तुल्यबलविरोधः अस्ति वा? तुल्यबलविरोधः इत्युक्ते द्वयोः कृते पृथक्तया कार्यं कर्तुं कार्यक्षेत्रम् अस्ति वा सेपरेट्लि इति तत्र द्रष्टव्यम्। द्वयोर्मध्ये तुल्यबलविरोधः नास्ति चेत् द्वितीयनियमपर्यन्तं गमनस्य आवश्यकता न भवति। इत्युक्ते एकं सूत्रम् अपवादसूत्रं चेत् अपवादसूत्रेण कार्यं कुर्मः। मुख्या वार्ता का? द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति वा इति द्रष्टव्यम्। अस्ति चेत् तदा तत् सूत्रद्वयम् अष्टाध्यायीग्रन्थे कुत्र अस्ति? द्वयोः सूत्रयोः सूत्रसङ्ख्या का? तत् सूत्रद्वयं सपादसप्ताध्याय्याम् अस्ति वा त्रिपाद्याम् अस्ति वा इति द्रष्टव्यम्। अस्य अवगमनार्थमेव इदम् उदाहरणं दत्तमस्ति। अत्र सुपि च इति एकं सूत्रं दत्तमस्ति। सुपि च सूत्रस्य प्रसङ्गे बहवः विषयाः सन्ति। सूत्रे केवलं पदद्वयमेव अस्ति। सुपि च इति कथनेन किम् अवगन्तुं शक्नुमः? केवलं पदद्वयमेव अस्ति तत्र। कोऽपि वक्तुमिच्छति वा अस्मिन् प्रसङ्गे सुपि च इति कथनेन किं ज्ञायते? अनुवृत्तिसहितसूत्रं तत्र नास्ति चेत् किम् अवगन्तुं शक्नुमः? सत्यभामा भगिनी, भवती वदतु।
सम्पूर्णसूत्रं दृष्ट्वा एव वक्तुं शक्यते। अत्र सम्पूर्णसूत्रम् एवमस्ति, अधः अङ्गस्य ययि सुपि दीर्घः इति। तद् दृष्ट्वा वयं ज्ञातुं शक्यते अङ्गस्य ययि ई इति प्रत्याहारः अस्ति, प्रत्याहारे परे सुपि सुप्रत्ययस्य दीर्घः भवति इति। यादि सुप्रत्यये परे अङ्गस्य दीर्घः दीर्घादेशः भवति इति।
भिन्नरीत्या वदामः वा? अतः अङ्गस्य दीर्घः ययि सुपि च इति कथनेन इतोपि किञ्चित् स्पष्टता आयाति खलु?
आम् आम् अतः इत्यनेन अदन्तात् अङ्गात् इति वा?
अदन्तम् अङ्गम् इति कथनेन अदन्तम् इति समस्तपदं विग्रहवाक्यं वदतु। अत् अन्तं यस्य तत् अदन्तम्। अत्र अदन्तम् अङ्गं किं? वृक्ष इति अदन्तम् अङ्गम् अस्ति। अदन्तम् इत्यत्र तपरकरणं कृतमस्ति। तपरकरणं केन सूत्रेण दीयते? तपरस्तत्कालस्य इति सूत्रेण। वृक्ष इति ह्रस्व अकारान्तम् अङ्गम् अस्ति, अदन्तम् अङ्गम् अस्ति। अत् अन्तं यस्य तत् तत्र तपरस्तत्कालस्य इति सूत्रेण तपरकरणं कृत्वा लिखितम् अस्ति। अतः इति कथनेन अदन्तम् अङ्गं स्यात्। अस्य सूत्रस्य प्रसङ्गे सप्तपरिभाषासूत्राणि ज्ञातव्यानि सन्ति। तपरस्तत्कालस्य इति सूत्रेण अदन्तमङ्गम् इति ज्ञायते। अदन्तमङ्गम् अस्ति किन्तु कस्य वर्णस्य दीर्घादेशः भवति इति प्रश्नः उदेति। कस्य वर्णस्य दीर्घादेशः इत्युक्ते अङ्गस्य अन्तिमवर्णस्य दीर्घादेशः भवति इति ज्ञातुं तत्र अलोन्त्यस्य इति सूत्रमपि आवश्यकमस्ति। अन्तिम अचुवर्णस्य अङ्गम् अदन्तं स्यात् तादृश अङ्गम् अदन्तम् अङ्गम् ह्रस्व अकारान्तम् अङ्गम् अस्ति, अपि च तस्य अन्तिम अचिवर्णस्य दीर्घादेशः भवति. तत्र सुपि इति सप्तम्यन्तं पदं खलु, सूत्रेषु सप्तम्यन्तं पदम् अस्ति अस्ति चेत् किं परिभाषासूत्रं वदतु?
पर सप्तमी अस्ति चेत् परनिमित्तम् इति पूर्वकार्यं. तस्मिन् इति निर्दिष्टे पूर्वस्य.
उत्तमं. तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रेण तत्र पूर्वकार्यं भवति, परनिमित्तम् अस्ति. तत् परिभाषासूत्रमपि आवश्यकं. तस्मिन् इति निर्दिष्टे पूर्वस्य. अत्र सूत्रं पश्यन्तु एकवारम्. अतः अङ्गस्य, अतः इति षष्ट्यन्तं पदमस्ति खलु, अतः स्थाने इति, तत्र षष्ठीस्थाने योग इति सूत्रमपि आयाति. इतोपि अत्र चिन्तनमस्ति, यञि सुपि इति दत्तमस्ति. यञि सुपि द्वयोर्मध्ये विशेषणविशेष्यभावः अस्ति. द्वयोः पदयोः मध्ये विशेषणविशेष्यभावः अस्ति, अपि च एतत् पदद्वयं सप्तमीविभक्त्याम् अस्ति. ययादिसुप्रत्यये परे इति अर्थः अस्ति. यै प्रत्याहारस्थवर्णः प्रत्ययस्य आदौ एव भवतु इति कथं जानीमः? ययादिसुप्रत्यये परे इति सूत्रे लिखितमस्ति. ययादिसुप्रत्यये परे अदन्त अङ्गस्य दीर्घादेशः भवति इति सूत्रार्थः. यञि सुपि इति उक्तमस्ति. ययादिसुप्रत्ययः इत्युक्ते यञि प्रत्याहारस्थवर्णः आदौ एव स्यात्. उत्तमम्. यस्मिन् विधिस्तदादावल्ग्रहणे इति परिभाषया अहं किम् उक्तवती? परिभाषासूत्रं भिन्नं, परिभाषाः भिन्नाः. अत्र येन विधिस्तदन्तस्य इति वयं पूर्वं पठितवन्तः खलु. येन विधिस्तदन्तस्य तदन्तविधिः भवति चेत् अनिष्टरूपापत्तिः अस्ति, अनिष्टं रूपं सिध्यति. अत्र परिभाषासूत्रम् अपि च परिभाषा द्वयोर्मध्ये बलाबलचिन्तनं करणीयम्. परिभाषासूत्रं किम्? येन विधिस्तदन्तस्य. परिभाषा का? यस्मिन् विधिस्तदादावल्ग्रहणे. यस्मिन् विधिः तदादौ अल्ग्रहणे इत्युक्ते अत्र आदिम अल्वर्णस्य ग्रहणम् एव भवतु इति स्पष्टतया तया परिभाषया ज्ञायते. यस्मिन् विधिस्तदादावल्ग्रहणे इति परिभाषया यै प्रत्याहारस्थवर्णः प्रत्ययस्य आदौ भवति चेदेव तत्र इष्टरूपं सिध्यति. सप्त परिभाषासूत्राणि सुपि च सूत्रस्य प्रसङ्गे आवश्यकानि भवन्ति. इत्युक्ते सूत्रार्थस्य अवगमनार्थं परिभाषासूत्राणि आवश्यकानि भवन्ति. अतः अङ्गस्य दीर्घः यञि सुपि च.
अत्र सूत्रे अतः अङ्गस्य यञि सुपि दीर्घः इति एव अस्ति. यदि अत्र परिभाषासूत्रमस्ति वा एतत्? यस्मिन् इति यस्मिन् विधि तदादौ अल्ग्रहणे इति उक्तम्, अनेन एव अत्र तदादि ययादि इति ज्ञातुं शक्यते खलु?
आम्.
तत् परिभाषा अस्ति वा?
परिभाषा अस्ति, सूत्रं नास्ति. परिभाषासूत्रं भिन्नं, परिभाषाः भिन्नाः. परिभाषासूत्राणि पाणिनिना लिखितानि, किन्तु परिभाषाः नागेशभट्टेन लिखिताः. एका परिभाषा अस्ति, यस्मिन् विधिस्तदादावल्ग्रहणे इति परिभाषासूत्रम्, अपि च परिभाषा द्वयोर्मध्ये बलाबलचिन्तनं भवति. तत्र अपवादत्वेन यस्मिन् विधिस्तदादावल्ग्रहणे इति परिभाषया आदिमाल्वर्णस्य ग्रहणं भवतु इति अत्र उच्यते. विधिसूत्रस्य सम्पूर्ण अर्थावगमनाय परिभाषासूत्राणि साहाय्यं कुर्वन्ति खलु. अत्र इमानि परिभाषासूत्राणि आवश्यकानि. अलोन्त्यस्य, तपरस्तत्कालस्य, षष्ठीस्थाने योग, इमानि सूत्राणि आवश्यकानि भवन्ति. यद्यपि अत्र सूत्रे पदद्वयमेव अस्ति, यञि अतः दीर्घः इति त्रीणि पदानि अस्मिन् सूत्रे पूर्वसूत्रात् अनुवृत्तानि भवन्ति. यञि सुपि इति दत्तमस्ति. सुन्दरमहोदय, भवान् वदतु. एकविंशति सुप्रत्ययाः सन्ति, भवान् जानति वा?
Su, au, jas, am, au, out, shas, not clear, yeah.
भवान् जानाति खलु?
जानामि.
भवतां पार्श्वे सुप्रत्ययाः सन्ति चेत् एकवारं पुरतः स्थापयन्तु. एकविंशति सुप्रत्ययाः सन्ति. चित्रं पुरतः अस्ति चेत् अस्माकम् अवगमनं सम्यक् जायते इति मम आशयः. सु, औ, जस्, अम्, औट्, शस् ताभ्यां भिस् नेभ्यां भ्यस् नशिभ्यां भ्यस् नस् ओस् आम् नी ओस् सुप् एते एकविंशति सुप्रत्ययाः सन्ति. 21 सुप्रत्ययाः सन्ति. सुप् इति किमर्थं वदामः? सुन्दरमहोदय वदतु. सुप् प्रत्ययाः सुप् तिङन्तं पदम् इति इत्यस्मिन् सुबन्तम् इति कथनेन सुप् अन्ते यस्य इति वदामः खलु, तत्र सुप् इति कथनेन कः अर्थः?
सु इति प्रथमप्रत्ययः आरभ्य सुप् इति अन्तिमप्रत्ययपर्यन्तम्.
प्रथमाविभक्ति एकवचनप्रत्ययः सुप्रत्ययः अस्ति. सप्तमी विभक्ति बहुवचनप्रत्ययः सुप् अस्ति. प्रथमाविभक्ति एकवचनप्रत्ययः सु इत्यस्मात् आरभ्य सप्तमी विभक्ति बहुवचनप्रत्ययः सुप् पर्यन्तं मिलित्वा सुप् इति प्रत्याहारः इति वदामः. एते सर्वे एकविंशति सुप्रत्ययाः सन्ति. अस्तु, एकविंशति सुप्रत्ययाः सन्ति. तेषु ययादिप्रत्ययाः के इति ज्ञातव्यं. यञ् इति प्रत्याहारे के के वर्णाः सन्ति? इदानीं भवन्तः सर्वे माहेश्वराणि सूत्राणि पश्यन्तु. ययादिसुप्रत्यये परे इति लिखितम् अस्ति. यञ् इति प्रत्याहारे के के वर्णाः सन्ति? नरसिंह हेग्डे महोदय कृपया वदतु. चित्रमस्ति चेत् पुरतः एकवारं पश्यन्तु. तत्र पञ्चमं सूत्रमस्ति हयवरट् इति
सूत्रमस्ति. न
हयवरट् इति झभै पर्यन्तं, झभै पर्यन्तम् अस्ति. पञ्चमं सूत्रमस्ति हयवरट्. हयवरट् इत्यस्मिन् सूत्रे या अस्ति? यवरट् लण् न्यमगणनं झभै. झभै पर्यन्तं यञ् प्रत्याहारः अस्ति. इत्युक्ते यञ् प्रत्याहारे यवरल ञि अण न म झभ एते वर्णाः सन्ति. यञ् प्रत्याहारे एते वर्णाः सन्ति. के के प्रत्ययाः ययादिप्रत्ययाः इति कथं जानीमः? अत्र पुनः एकवारं सुप्रत्ययान् पुरतः स्थापयन्तु. सुप्रत्ययेषु के के प्रत्ययाः ययादिप्रत्ययाः सन्ति इति ज्ञातव्यम्. सुन्दरमहोदय वदतु, एकविंशतिप्रत्ययेषु ययादिसुप्रत्ययाः के?
सु इति प्रत्ययः, तत्र सु अत्र न आगच्छति. ययादौ सु इति प्रत्ययः न आगच्छति. तदनन्तरम् औ, औ अपि तत्र न आगच्छति. जस् जस् इति तत्र तदपि न आगच्छति. अत्र
जस् इति उक्तवान् खलु, जस् इत्यत्र अनुबन्धलोपं करोतु.
अनुबन्धलोपं करणीयं चेत् सकारः, ओके, सकारः अलन्त्यम् इति सूत्रेण न निर्गच्छति. सोरि, विभक्तिप्रत्ययः कृते तादृशं न भवति. जस् एव भवति.
न, अत्र इतोपि चिन्तनमस्ति. नरेश् महोदय, भवतः पुरतः सुप्रत्ययाः एकविंशति सन्ति वा? सन्ति चेत् एकवारं पश्यतु, नो चेत् सत्यभामा भगिनी भवती दृष्ट्वा वदतु.
अत्र सु औ जस् सु इत्यत्र उकारस्य संज्ञा भूत्वा लोपः भवति, सकारः एव अवशिष्यते. औ तथैव तिष्ठति. जस् इत्यत्र जकारस्य चुटु सूत्रेण संज्ञा भवति, तस्य लोपः भवति. अस् इति अवशिष्यते. अम् तदेव तिष्ठति. औट् अत्र औ एव तकारस्य हलन्त्यं सूत्रेण संज्ञा भवति. शस् इत्यत्र शकारस्य रशक्व कथ्यते इति सूत्रेण संज्ञा भवति. अस् इति अवशिष्यते. ठा इत्यत्र टकारस्य
चुटु
सूत्रेण संज्ञा भवति. आ इति अवशिष्यते. भ्याम् इति तदा तिष्ठति. भ्याम् इति ययादिप्रत्ययः.
भकारः यै प्रत्याहारस्य वर्णः. अतः भ्याम्, भ्याम् इति तृतीया विभक्ति द्विवचनप्रत्ययः. भ्याम् प्रत्ययः ययादिप्रत्ययः. वदतु.
भिस् अपि, भिस् अपि ययादिप्रत्ययः, परन्तु अत्र भकारस्य ऐ एव, ऐस् एव भवति.
अत्र किं वक्तव्यं? भिस् इति प्रत्ययः, भिस् प्रत्ययः कः? तृतीया विभक्ति बहुवचनप्रत्ययः भिस् प्रत्ययः अस्ति, भिस् प्रत्ययः अपि भकारादिप्रत्ययः, भकारस्य इत्संज्ञा नास्ति, भकारः यथावत् तिष्ठति। प्रत्ययस्य आदिमवर्णः कः इति प्रश्ने सति आदौ अनुबन्धलोपः करणीयः, इत्युक्ते अनुबन्धलोपानन्तरम् एव प्रत्ययस्य आदिमवर्णः कः इति द्रष्टव्यम्। अत्र भकारः तिष्ठति, भिस् प्रत्ययः अपि भकारादिप्रत्ययः, ययादिप्रत्ययः एव। वृक्ष इति प्रातिपदिकात् भिस् प्रत्यये परे, इत्युक्ते तृतीया विभक्ति बहुवचनप्रत्यये परे सुपिचसूत्रस्य कार्यं भवति वा
न भवति?
किमर्थं न भवति? किमर्थं न भवति इत्युक्ते तत्र एकं विशिष्टं सूत्रम् आगत्य अतो भिस् ऐस् इति सूत्रम् आगत्य भिस् प्रत्ययस्य स्थाने ऐस् इति प्रत्ययादेशः भवति इति कारणतः सुपिच इत्यस्य सूत्रस्य कार्यं तत्र नास्ति, केवलं तस्य प्रसक्तिः एव अस्ति, तस्य प्राप्तिः न भवति। सुपिच सूत्रं ययादिसु प्रत्ययपरे कार्यं करोति इति सूत्रे उक्तम् अस्ति चेदपि भिस् प्रत्ययपरे तस्य कार्यं नास्ति। भवती वदतु अग्रे, चतुर्थी विभक्ति
अपवादसूत्रम्?
अपवादसूत्रं वा? तदेव कार्यं करोति, प्रत्ययादेशः भवति, भिस् प्रत्ययस्य स्थाने ऐस् आदेशः भवति। एतावत्पर्यन्तं वृक्षाभ्याम् इत्यत्र एव वृक्ष इति अदन्तप्रातिपदिकस्य अदन्त अङ्गस्य दीर्घादेशः ययादिसु प्रत्ययपरे अभवत्, तेन वृक्षाभ्याम् इति रूपं सिद्ध्यति। इदानीं चतुर्थी विभक्ति एकवचनप्रत्ययः, सत्यभामा भगिनी वदतु, अनुबन्धलोपं करोतु।
ङ्य इति अस्ति अत्र दशक्वतत्वे इति सूत्रेण ङ्य इत्यत्र नकारस्य संज्ञा भवति, एकारः एव अवशिष्यते।
अत्र पश्यतु ञकारः यञ् प्रत्याहारे अस्ति, किन्तु चतुर्थी विभक्ति एकवचनप्रत्ययः ययादिः नास्ति खलु?
नास्ति।
किमर्थम्?
अत्र अनुबन्धलोपे सति एकारः एव अवशिष्यते, एकारः यै नास्ति।
उत्तमम्। अयं प्रत्ययः अनुबन्धलोपानन्तरम् अजादिः भवति, न तु ययादिः, इत्युक्ते अनुबन्धलोपं करणीयम् आदौ, अनुबन्धलोपानन्तरम् एव प्रत्ययस्य आदिमवर्णः द्रष्टव्यः। अतः ञ इति प्रत्ययः, तत्र ञकारः यञ् प्रत्याहारस्थवर्णः चेदपि अनुबन्धलोपानन्तरम् अयं प्रत्ययः अजादिः भवति। अग्रे वदतु।
भ्याम् इति तत् ययादिप्रत्ययः एव, भ्यस् अत्र तदपि ययादिप्रत्ययः एव, ङसि इति अस्ति, ङसि इत्यत्रापि रसक्वतत्वे इति सूत्रेण नकारस्य संज्ञा भवति, अस् इदेव अवशिष्यते।
नसि इत्यत्र लशक्वतद्धिते सूत्रं कथं कार्यं करोति?
अत्र प्रत्ययस्य आदौ अस्ति, अथतितप्रत्ययः अपि अस्ति इति कृत्वा नकारस्य कु इति अस्ति खलु, तेन कवर्गीयवर्णाः सर्वम् आगच्छति।
उत्तमं। तद्धितप्रत्ययः नास्ति, लश कु इति उक्तमस्ति, कु इति कथनेन कवर्गीयव्यञ्जनानि इति अर्थः, ञकारः कवर्गीयव्यञ्जनमेव खलु, अतः ञकारः लशक्व तद्धिते इति सूत्रेण इत्संज्ञकः भूत्वा तस्य लोपः इत्यनेन अपगच्छति, तेन पञ्चमी विभक्ति एकवचनप्रत्ययः नसि प्रत्ययः अन्ततो गत्वा अस् भवति। वदतु।
तदपि अजादिप्रत्ययः इदानीम् अधः यै नास्ति, पञ्चमी विभक्ति द्विवचनप्रत्ययः भ्यामेव, बहुवचने भ्यस् इति एव, उभयमपि ययादिप्रत्ययः एव। षष्टिविभक्ति ङस् इति अस्ति, अत्रापि ङकारस्य संज्ञा भवति, लोपः भवति, अस् इति एव अवशिष्यते। अत्र अस् द्विवचनप्रत्ययः ओस् इति अस्ति, बहुवचनम् आम् इति अस्ति, अतः षष्टिविभक्त्या ययादिप्रत्ययः नास्ति। सप्तमी विभक्ति प्रथमं ङि इति अस्ति, अस्यापि दशकृतधिते इत्यनेन संज्ञा भूत्वा लोपः भवति, ईकारः एव अवशिष्यते, तदपि अजातिप्रत्ययः अस्ति। सप्तमी विभक्ति द्विवचनप्रत्ययः ओस् इति अस्ति, तदपि अजातिप्रत्ययः अस्ति, सुप् इति ययादिप्रत्ययः अस्ति।
सुप् इति ययादिप्रत्ययः अस्ति। उत्तमं। सकारः यञ् प्रत्याहारे अस्ति वा?
पश्यतु, नास्ति, तत् नास्ति, क्षम्यतां।
सुप्रत्ययः ययादिप्रत्ययः नास्ति, जलादिः अस्ति, जलादिः अस्ति, बहु सम्यक् उक्तवती भगिनी, धन्यवादाः. एवं रीत्या एकविंशति सुप्रत्ययाः सन्ति, तेभ्यः इत्संज्ञकवर्णानां लोपकार्यानन्तरं ञे प्रत्ययः, ञसि प्रत्ययः, ञस् प्रत्ययः, ञी प्रत्ययः इत्युक्ते चतुर्थी विभक्ति एकवचनप्रत्ययः, पञ्चमी विभक्ति एकवचनप्रत्ययः, षष्ठी विभक्ति एकवचनप्रत्ययः, सप्तमी विभक्ति एकवचनप्रत्ययः. एतेषु ञकारः आदिमवर्णः अस्ति, किन्तु ञकारः कवर्गीयव्यञ्जनम् अस्ति. अत्र लषक्व तद्धिते इति सूत्रेण ञकारस्य इतिसंज्ञा भूत्वा एते चत्वारः प्रत्ययाः अजादिप्रत्ययाः भवन्ति, अजादयः भवन्ति. इत्संज्ञकवर्णानां लोपकार्यानन्तरम् एते चत्वारः प्रत्ययाः अजादिप्रत्ययाः भवन्ति, न तु ययादयः. अत्र केवलं ययादिप्रत्ययाः के, अन्ततो गत्वा सारांशः वदतु.
ययादिप्रत्ययः तृतीयाविभक्ति बहुवचनं, चतुर्थीविभक्ति बहु, तृतीयाविभक्ति द्विवचनप्रत्ययः, चतुर्थीविभक्ति द्विवचनप्रत्ययः बहुवचनप्रत्ययः, पञ्चमी विभक्ति द्विवचनप्रत्ययः बहुवचनप्रत्ययः, पञ्चप्रत्ययः.
पञ्चप्रत्ययः वा नो चेत् षट्सु स्थलेषु भ्यां भिस्
भ्यां इत्यत्र ऐस् आदेशः भवति खलु,
ऐस् आदेशः भवति. तत्र अन्यत् कार्यमस्ति इति तु अन्या वार्ता, किन्तु भकारादिप्रत्ययः खलु
तदस्ति.
इत्युक्ते षट्सु स्थलेषु भकारादिप्रत्ययाः सन्ति,
षट्सु स्थलेषु इति वक्तव्यं,
षट्सु स्थलेषु. तृतीया विभक्ति द्विवचनप्रत्ययभ्यां, चतुर्थी विभक्ति द्विवचनप्रत्ययभ्यां, पञ्चमी विभक्ति द्विवचनप्रत्ययभ्याम् अस्ति, तृतीया विभक्ति बहुवचनप्रत्ययः भिस्, चतुर्थी विभक्ति बहुवचनप्रत्ययः भ्यस्, पञ्चमी विभक्ति बहुवचनप्रत्ययः भ्यस्. एते प्रत्ययाः भकारादिप्रत्ययाः, भकारः ययि प्रत्याहारे अस्ति, एते प्रत्ययाः ययादिप्रत्ययाः, अतः एतेषु षट्सु स्थलेषु सुपि च इति सूत्रेण कार्यं भवति वा इति प्रश्नः. अस्य सूत्रस्य प्रसक्तिः अस्ति, किन्तु प्राप्तिः अस्ति वा इति प्रश्नः. अत्र वृक्ष इति अदन्तप्रातिपदिकमस्ति, भ्यां प्रत्यये परे एव, इत्युक्ते तृतीया विभक्ति द्विवचनं, चतुर्थी द्विवचनं, पञ्चमी द्विवचनं, भ्यां प्रत्ययः अस्ति खलु, भ्यां प्रत्यये परे एव कार्यं भवति. भिस् प्रत्यये परे अतो भिस् ऐस् इति सूत्रेण प्रत्ययादेशः भवति इति कृत्वा तत्र सुपि च कार्यं न भवति. सुपि च इति सूत्रं कार्यं कर्तुं पृथक्तया एकं स्थलमस्ति, वृक्षाभ्यां, रामाभ्यां, जनाभ्यां, फलाभ्यां, वनाभ्यां, तत्र अदन्तमङ्गं स्यात्. नपुंसकलिङ्गमपि फलाभ्यां, वनाभ्याम् इत्यत्रापि अदन्तमङ्गं सिद्ध्यति, अदन्तप्रातिपदिकं सिद्ध्यति, अतः अदन्त अङ्गस्य दीर्घादेशः भवति भ्यां प्रत्यये परे. इत्युक्ते सुपि च इति सूत्रं कार्यं कर्तुं पृथक्तया कार्यं कर्तुम् एकं स्थानमस्ति. तृतीयाविभक्ति बहुवचनं वृक्षैः, रामैः, फलैः इति भवति खलु, तत्र अतोभिस् ऐस् इति सूत्रेण तादृशं रूपं सिद्ध्यति. आदौ ऐस् आदेशः भवति, पश्चात् सकारस्य स्थाने विसर्गादेशः भवति, इत्यतः वृक्षैः इति रूपं सिद्ध्यति. वृक्षेभ्यः इत्यत्र भ्यस् प्रत्ययः अस्ति खलु, तत्र सुपि च सूत्रं कार्यं करोति चेत् किं रूपं सिद्ध्यति सत्यभामा भगिनी? वृक्षेभ्यः इत्यत्र सुपि च सूत्रं कार्यं करोति चेत् भकारादिप्रत्ययः अस्ति, ययादिप्रत्ययः अस्ति इति कारणतः अङ्गस्य दीर्घादेशः भवति चेत् किं रूपं सिद्ध्यति? वृक्षाभ्यः, वृक्षाभ्यः इति रूपम् अनिष्टं रूपं खलु, अतः तत्रापि तस्य कार्यं नास्ति इति अवगन्तुं शक्नुमः. तत्र बहुवचने झल्येत् इति सूत्रम् आगत्य कार्यं कर्तुम् उद्युक्तं भवति. वृक्षेभ्यः इत्यत्रापि सुपि च सूत्रस्य कार्यं न भवति. यद्यपि षट् स्थलानि सन्ति, तथापि भ्यां प्रत्यये परे एव सुपि च कार्यम् अस्ति, पृथक्तया तस्य कार्यं कर्तुं कार्यक्षेत्रं तत्र दत्तमस्ति. सुपि च सूत्रं वृक्षेभ्यः इत्यत्र कार्यं करोति चेत् अनिष्टं रूपं भवति, अतः तत्र तस्य कार्यं नास्ति. सुपि च सूत्रस्य कृते वृक्षाभ्याम् इत्यत्र लब्धावकाशः अस्ति इति स्पष्टतया अवगतवन्तः वयम्. एवमेव बहुवचने झल्येत् इति सूत्रस्य कृते अपि कार्यं कर्तुं कार्यक्षेत्रं पृथक्तया अस्ति. कुत्र अस्ति इत्युक्ते बहुवचने झल्येत् इति सूत्रं कार्यं कर्तुं बहुवचन जलादिप्रत्यये परे इति तस्मिन् सूत्रे उक्तमस्ति. वृक्षाभ्याम् इत्यत्र बहुवचने जल्यत् कार्यं नास्ति. वृक्षेभ्यः इत्यत्र सुपि च कार्यं नास्ति. अनयोः द्वयोः सूत्रयोः कृते पृथक् पृथक् कार्यक्षेत्रमस्ति. कार्यं कर्तुम् अवकाशः पृथक्तया अस्ति. किन्तु एतत् सूत्रद्वयं कुत्र आयाति? वृक्षेभ्यः इत्यत्र आगच्छति. द्वयोः सूत्रयोः प्रसक्तिः वृक्षेभ्यः इत्यत्र अस्ति. द्वयोः सूत्रयोः कृते अन्यत्र अन्यत्र लब्धावकाशः अस्ति. किन्तु द्वयोः एकत्र प्राप्तिः अस्ति चेत् तुल्यबलविरोधः भवति. द्वयोर्मध्ये युद्धं भवति. स एव तुल्यबलविरोधः. सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति चेत् केन नियमेन तत्र कार्यं करणीयम्?
सङ्घर्ष युद्ध इत्युक्ते टु पुट् इट् ग्रामटिकलि निमित्तं पूरितानि भवन्ति. सूत्रद्वयस्य अपि निमित्तानि पूरितानि भवन्ति. तदेव न
तदेव वक्तुमिच्छामि. बहुवचने झल्येत् प्रसङ्गे इतोपि किञ्चित् ज्ञातव्यम् अस्ति. तत्र सूत्रं किं वदति? सूत्रावगमनार्थं परिभाषासूत्राणि कानि इति अपि ज्ञातव्यमस्ति. तस्य कृते इतोपि चिन्तनम् आवश्यकमस्ति. नरेश् महोदय, भवान् वृक्षायोगाभ्याम् इति स्थितौ तद्वदतु.
वृक्षायोगाभ्यां तत्र तु भ्यां तत् यञ् मध्ये अस्ति, अतः तत्र किमस्ति सुपि च अस्ति चेत् तत्र दीर्घः भवति, अतः वृक्षाभ्यां भवति.
अत्र एकः परिच्छेदः अस्ति. वृक्षयोगः भ्याम् इति स्थितौ किं भवति? पठतु.
वृक्षयोगभ्याम् इति स्थितौ सुपि च इत्यस्य प्रसक्तिः अस्ति. बहुवचने झल्येत् इत्यस्य प्रसक्तिः नास्ति, यतः भ्यां बहुवचनार्थे नास्ति. वृक्षयोगस्सु इति स्थितौ बहुवचने झल्येत् इत्यस्य प्रसक्तिरस्ति, सुपि च इत्यस्य प्रसक्तिः नास्ति, यतः सुप् यनादि नास्ति, अतः उभयत्र एकत्र प्राप्तिः नास्ति, सूत्रविरोधः नास्ति, उभयत्र एकस्य एव सूत्रस्य प्रसक्तिः. अत्र दत्तमस्ति वृक्षयोगाभ्याम् अस्ति चेत् तत्र सुपि च सूत्रस्य प्रसक्तिः भवति, परन्तु बहुवचने झल्येत् तस्य प्रसक्तिः न भवति, यतः तत्र भ्यां द्विवचने अस्ति, बहुवचने नास्ति.
बहुवचने झल्येत् इति सूत्रं बहुवचनझलादिप्रत्यये परे एव कार्यं करोति. अत्र भ्यां प्रत्ययः बहुवचनार्थप्रत्ययः नास्ति इति कारणतः वृक्षाभ्याम् इत्यत्र बहुवचने झल्येत् कार्यं नास्ति.
वृक्षाभ्याम् अस्ति. अग्रे वृक्षयोगसु तत्र बहुवचने झल्येत् तस्य प्रसक्तिः अस्ति. सु तु तत्र प्रत्यये अस्ति, परन्तु तत्र सुपि च तस्य प्रसक्तिः नास्ति. वृक्षयोग सु इति
महोदय, वृक्षयोगः सु इति लिखितमस्ति. सु इति कथनेन प्रथमाविभक्ति एकवचनप्रत्ययः नास्ति. अत्र प्रत्ययः कः इत्युक्ते वृक्षयोगः सुप्. सुप् इति कथनेन सप्तमी विभक्ति बहुवचनप्रत्ययः. वृक्षेषु इत्यत्र वृक्षयोगः सुप् इति योजयामः. सुप् इत्यत्र पकारः इति संज्ञकः अस्ति इत्यतः सप्तमी विभक्ति बहुवचन निरनुबन्धप्रत्ययः सु अस्ति. वृक्षयोगः सु इति स्थितौ बहुवचने झल्येत् सूत्रस्य प्रसक्तिः अस्ति. किमर्थं चेत् सुप् इति प्रत्ययः बहुवचनार्थकप्रत्ययः, अपि च सकारः झल् प्रत्याहारे अस्ति. सकारः यञ् प्रत्याहारे नास्ति खलु?
आम् आम्
वदतु।
अत्र वृक्षयोगस्सु अस्ति चेत् तत्र बहुवचने झल्येत् तस्य प्रसक्तिः सुपि च तस्य प्रसक्तिः नास्ति यतः तत्तु यनादिप्रत्ययः नास्ति अतः तस्य वृक्षयोगस्सु तत्र केवलं बहुवचने झल्येत् भवति न तु सुपि च भवति एकस्थाने एकः अस्ति।
उत्तमम्। एकत्र प्राप्तिः नास्ति अतः सूत्रविरोधः नास्ति द्वयोः कृते पृथक्तया कार्यक्षेत्रम् अस्ति अतः उभयत्र एकस्य सूत्रस्य एव प्रसक्तिः भवति।
किं करणीयम् इति एकवारं वदतु। उभयोः सूत्रयोः कुत्र कुत्र प्राप्तिः अस्ति इति द्रष्टव्या वा आदौ?
द्वयोः सूत्रयोः कृते अन्यत्र अन्यत्र कार्यं कर्तुम् अवकाशः अस्ति वा पृथक्तया कार्यं कर्तुम् अपि च द्वयोः सूत्रयोः प्रसक्तिः एकत्र भवति वा इति द्वितीयं सोपानम्। प्रथमसोपानमस्ति द्वयोः सूत्रयोः कृते अन्यस्मिन् स्थले पृथक्तया कार्यं कर्तुं तस्य कृते अवकाशः अस्ति वा इति आदौ द्रष्टव्यम्।
वृक्षयोगः भ्यस् अत्र किं भवति इति पश्यामः। भ्यस् यञादि सुप्रत्ययः अतः सुपि च इत्यस्य प्रसक्तिरस्ति। भ्यस् झलादि बहुवचनार्थ सुप्रत्ययः अतः बहुवचने झल्येत् इत्यस्य प्रसक्तिरस्ति। द्वेपि सूत्रे अन्यत्र लब्धावकाशे अपि च तयोः अधुना एकत्र प्राप्तिः वृक्षयोगः भ्यस् इत्यस्यां स्थितौ अतः अत्र तुल्यबलविरोधः वर्तते। द्वयोः सूत्रयोः कस्य अत्र अवकाशः भवेत् इति निर्णेतुम् अग्रे पठेम।
अत्र किमस्ति
प्रतिपादितुं न शक्नोमि।
चिन्ता मास्तु। सुन्दरमहोदय, भवान् किम् अवगतवान्? अत्र किमस्ति
वृक्षयोगे भ्यस् इति स्थितौ अत्र अत्र किं भवति इत्युक्ते भ्यस् इति ययादि सुप्रत्ययः अतः सुपि च इत्यस्यापि प्रसक्तिः अस्ति। भ्यस् तदेव भ्यस् झलादि बहुवचनार्थ सुप्रत्ययः अपि इति कारणेन बहुवचने चल्येत् इति सूत्रमपि अत्र सूर्य कार्यं कर्तुम् अर्हति। द्वे अपि सूत्रे अन्यत्रापि लब्ध अवकाशः लब्धः इति अस्माभिः अधुना एव दृष्टम्। ओके, इति कारणेन तयोः अधुना एकत्र एव प्राप्तिः भवति वृक्षयोगे भ्यस् इति स्थितौ अतः तुल्यबल विरोधः वर्तते इति प्रमाणं भवति। द्वयोः सूत्रयोः अत्र अवकाशः भवेत् इति निर्णेतुम् अग्रे पठेमः। मत्लब् इन् द सेन्स् दट् ओके, द्वयोः सूत्रयोः मध्ये किं सूत्रं कार्यं कर्तुम् बलम् अस्ति इति अग्रे पठित्वा निर्णयं क्रियते।
मम अवगमनम् एवम् अस्ति, वृक्षाभ्याम् इत्यत्र सुपि च कार्यं भवति, तत्र भ्याम् इति प्रत्ययः यञादिप्रत्ययः इति कारणतः सुपि च कार्यम् अस्ति, किन्तु वृक्षेषु इत्यत्र बहुवचने झल्येत् इति सूत्रेण वृक्षेषु इत्यत्र सुप्रत्ययः बहुवचनार्थकप्रत्ययः सकारः झल् प्रत्याहारे अस्ति इति कारणतः वृक्षेषु इत्यत्र बहुवचने झल्येत् इति सूत्रेण कार्यं भवति। किन्तु अत्र अस्माकं समस्या का? वृक्षेभ्यः इत्यत्र किं भवति? वृक्षेभ्यः इत्यत्र कीदृशी स्थितिः अस्ति? वृक्षेभ्यः इत्यत्र वृक्ष इति प्रातिपदिकम् अस्ति, वृक्षेभ्यः इति कथनेन चतुर्थी विभक्ति बहुवचनप्रत्ययः अथवा पञ्चमी विभक्ति बहुवचनप्रत्ययः अस्ति, तत्र भ्यस् इति प्रत्ययः अस्ति। भ्यस् इति प्रत्ययः कीदृशः? भ्यस् इत्यत्र प्रत्ययस्य आदिमवर्णः भकारः अस्ति. भकारः यै प्रत्याहारस्थवर्णः. ययादिसु प्रत्ययः भ्यस् प्रत्ययः. अतः सुपि च सूत्रस्य प्रसक्तिः अस्ति. इतोपि किं भ्यस् इतोपि कीदृशः? भ्यस् प्रत्ययस्य आदिमवर्णः भकारः न केवलं ययादिः, झलादिः अपि. पश्यन्तु माहेश्वराणि सूत्राणि पश्यामश्चेत् भकारः यञ् प्रत्याहारे अस्ति, झल् प्रत्याहारे अपि अस्ति. झभाञ् इति सूत्रमस्ति खलु, झभाञ् इत्यत्र भकारः अस्ति. भकारः झलादिवर्णः, अतः भ्यस् प्रत्ययः झलादि बहुवचनार्थकसुप्रत्ययः अस्ति. अतः बहुवचने झल्यति इति सूत्रस्य प्रसक्तिः अपि अस्ति. वृक्ष इति अदन्तप्रातिपदिकात् परं भ्यस् प्रत्ययपरे सुपि च सूत्रस्य प्रसक्तिः अस्ति. बहुवचने झल्यति इति सूत्रस्य प्रसक्तिः अपि अस्ति. अपि च द्वयोः सूत्रयोः कृते अन्यत्र अन्यत्र लब्धावकाशः अपि अस्ति. पृथक्तया कार्यक्षेत्रमपि अस्ति. सुपि च कृते वृक्षाभ्याम् इत्यत्र कार्यक्षेत्रमस्ति. बहुवचने झल्यत् कृते वृक्षेषु इत्यत्र लब्धावकाशः अस्ति. द्वयोः सूत्रयोः कृते अन्यत्र लब्धावकाशः अस्ति. अधुना वृक्षायोगः भ्यस् इत्यत्र एकत्र प्राप्तिः अपि अस्ति. अतः एते द्वे सूत्रे तुल्यबले स्तः. अपि च वृक्षायोगः भ्यस् इत्यत्र द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति. द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति चेत् केन आधारेण, केन नियमेन कार्यं कर्तुं शक्नुमः? केन सूत्रेण कार्यं क्रियते? कस्य सूत्रस्य कार्यं करणीयम् इति प्रश्नः अस्ति. तस्य उत्तरं दातुम् अधोभागे लिखितमस्ति. अत्र इतोपि अन्या वार्ता आगता. द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति चेत् किं करणीयम् इति अधुना प्रश्नः. किन्तु एकम् अन्यत् उदाहरणम् अग्रिमे परिच्छेदे स्वीकृतमस्ति. द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः नास्ति चेत् किं भवति? तुल्यबलविरोधः अस्ति चेत् किं भवति, नास्ति चेत् किं भवति? उभयत्र अस्माकं चिन्तनं किं भवति? अग्रे भिन्न उदाहरणं दत्तमस्ति. नरेश् महोदय, भवान् पठतु.
प्रथमम् एकम् उदाहरणं द्रष्टव्यं यत्र द्वयोः सूत्रयोः एकत्र प्राप्ति अस्ति परन्तु तुल्यबलविरोधः नास्ति. अत्र योग एव. अस्यां दशायां किं भवति इति प्रायः सर्वे जानीमः, परन्तु शास्त्रीयदृष्ट्या कथं सिद्ध्यति इति पश्येम. अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति, आद्गुणः वृद्धिरेचि च. अत्र दत्तमस्ति द्वयोः सूत्रयोः एकत्र प्रसक्तिः अस्ति चेत् तत्र तुल्यबलविरोधः अस्ति. उदाहरणम् अत्र दत्तमस्ति, अत्र योग एव. तत्र किं भवति तत् पश्येम. अत्र द्वयोः सूत्रयोः प्रसक्तिः अस्ति, आद्गुणः अपि च वृद्धिरेचि. तदा अत्र योग एव. तत्र आद्गुणः भवति अपि च वृद्धिरेचि भवति. किं कुर्मः? तत् दत्तमस्ति अग्रे.
उत्तमम्. अत्र योगः एव इत्यत्र आद्गुणः प्रसङ्गे निमित्तानि पूरितानि, वृद्धिरेचि सूत्रस्य कृते अपि निमित्तानि पूरितानि. किन्तु वयं सर्वे जानीमः एव तत्र किं रूपं सिद्ध्यति. अत्रैव इति रूपं सिद्ध्यति. वृद्धिरेचि कार्यमेव भवति. किमर्थं वृद्धिरेचि सूत्रेण कार्यं भवति, आद्गुणः सूत्रस्य कार्यं किमर्थं न भवति इति प्रश्नस्य उत्तरम् अत्र दत्तमस्ति. शास्त्रीयदृष्ट्या वृद्धिरेचि कार्यमेव करणीयं, किमर्थम् इति प्रश्नस्य उत्तरम् अधोभागे दत्तमस्ति. किमर्थं चेत् तत्र आद्गुणः इति सूत्रं सामान्यसूत्रम्, उत्सर्गसूत्रं, तस्य कृते कार्यं कर्तुं बृहत् कार्यक्षेत्रम् अस्ति. किन्तु वृद्धिरेचि सूत्रस्य कृते अस्यां दशायां कार्यं न करोति चेत् अन्यत्र तस्य कृते लब्धावकाशः नास्ति. अतः वृद्धिरेचि इति सूत्रम् अपवादबलेन कार्यं करोति. वृद्धिरेचि सूत्रेण एव कार्यं भवति. अतः अत्रैव इति रूपं सिद्ध्यते. उपरितनपरिच्छेदे एकः प्रश्नः अस्ति, तस्य उत्तरम् अदत्वा भिन्नम् उदाहरणम् अत्र दत्तमस्ति. भिन्नम् उदाहरणं किमर्थम् इत्युक्ते द्वयोः सूत्रयोः प्राप्तिः एकत्र अस्ति किन्तु तत्र तुल्यबलविरोधः नास्ति इति अवगन्तुम् इदम् उदाहरणम्. उपरितन उदाहरणं किम्? द्वयोः सूत्रयोः कृते अन्यत्रान्यत्र लब्धावकाशः अस्ति अपि च एकत्र प्राप्तिः अस्ति अतः द्वयोर्मध्ये तुल्यबलविरोधः अस्ति तस्यां दशायां किं करणीयम् इति उपरितने परिच्छेदे प्रश्नः अस्ति. नरसिंहहेग्डेमहोदय भवान् वदतु.
सम्यक् सम्यक् तत्र प्रथम उदाहरणे तत्र सुभिच्च बहुवचने जल्ये तत्र सूत्रद्वयमपि स्वतन्त्रतया कार्यं कर्तुं शक्नोति तत् परन्तु आद्गुणवृद्धिरिचि इत्यत्र स्वतन्त्रकार्यक्षेत्रं नास्ति वृद्धिरिचि इत्यस्य कृते. किमर्थम् इत्युक्ते वृद्धिरिचि इति यत्र यत्र कार्यं करोति तत्र तत्र आद्गुण इति आगत्य वदति अहमपि कार्यं करोमि. किमर्थमित्युक्ते एकस्य निमित्तम् अचिपरे एकस्य निमित्तम् एचिपरे एचि इति अच् मध्ये अस्ति अन्तर्भूतमस्ति अतः यत्र यत्र वद्येचि इति तस्य प्रसक्तिः भवति तत्र तत्र सर्वदा आद्गुण इत्यस्य प्रसक्तिः भवति. तत् भवति चेत् तत्र वृद्धिरेचि इत्यस्य कदापि तत् कार्यं कर्तुं न शक्नोति अतः तत्र तुल्यबलविरोधः नास्ति अत्र स्वतन्त्रतया कार्यक्षेत्रं नास्ति वृद्धिरेचि इत्यस्य. परन्तु उपरि उदाहरणं यत् वयं दृष्टवन्तः सुपि च प्रवचने तत्र स्वतन्त्रतया तत् कार्यं कर्तुं शक्नोति सूत्रद्वयमपि. सम्यक् महोदय.
उत्तमं. सुपि च अपि च बहुवचने झल्येत् द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति. तुल्यबलविरोधः नाम किम् इति आदौ ज्ञातव्यं. पृथक्तया द्वयोः सूत्रयोः कृते कार्यक्षेत्रमस्ति वा इति द्रष्टव्यम्. अपि च द्वयोः सूत्रयोः प्राप्तिः एकत्र अस्ति वा. अपि च तत्सूत्रद्वयम् अष्टाध्यायीग्रन्थस्य कस्मिन् भागे अस्ति एतत् सर्वं दृष्ट्वा एव तत्र निर्णेतुं शक्नुमः. कस्य कार्यं भवति इति निर्णयः क्रियते तेन आधारेण एव. वयं सर्वे उत्तमरीत्या चिन्तनं कृतवन्तः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादाः.
अनेके धन्यवादः भगिनि.
धन्यवादः भगिनि.
धन्यवादः भगिनि.